पाणिनी व्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं क्रियते, पश्चात् पाठः आरभ्यते। भगिनी स्मारयतु।
ॐ श्रीगुरुभ्यो नमः। केनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन दौदागिरपुंसां विमलै शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगुरुभ्यो नमः। धन्यवादः भगिनि।
धन्यवादाः। सार्वधातुकलकाराः आर्धधातुकलकाराः इति विषयः पूर्वमेव आरब्धः, अद्य तस्यानुवर्तनं भवति। सार्वधातुकलकाराः आर्धधातुकलकाराः च अधिकचिन्तनम् इति विषयः अद्य अनुवर्तते, चतुर्थः पाठः। तस्मिन् करपत्रे इतोपि नूतनविषयाः के इति एकवारम् अवलोकयाम। एतावत्पर्यन्तं किं पठितम् अस्माभिः इत्यस्मिन् विषये किञ्चित् वदामि। संस्कृतभाषायां दशलकाराः सन्ति, चत्वारः लकाराः सार्वधातुकाः, लट् लोट् लङ् विधिलिङ् एते लकाराः सार्वधातुकलकाराः, अन्ये षट् लकाराः आर्धधातुकलकाराः। चतुर्षु सार्वधातुकलकारेषु कीदृशं कार्यं भवति इति प्रश्ने सति, सार्वधातुकलकारेषु धातुना तिङ् प्रत्ययः दृश्यते इति उक्तमस्ति। बालानां सुखबोधाय अस्माकम् अवगमनार्थम् एवम् उक्तमस्ति, धातुना तिङ् प्रत्ययः दृश्यते इत्युक्ते धातु तिङ् प्रत्ययोः मध्ये कोऽपि अन्यप्रत्ययः नास्ति, अतः तेषु लकारेषु मध्ये गणविकरणप्रत्ययः आगन्तुं शक्नोति। तस्मिन् सन्दर्भे धातुः कस्मिन् गणे अस्ति इति अवश्यं द्रष्टव्यम्। सार्वधातुकलकारेषु इत्युक्ते लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु सः धातुः कस्मिन् गणे अस्ति इति अवश्यं द्रष्टव्यम्। आर्धधातुकलकारेषु धातुना तिङ् प्रत्ययः न दृश्यते इति पठितम्। किमर्थम् इत्युक्ते धातोः परम् आदौ लकारं निमित्तीकृत्य लकारनिमित्तिकविकरणप्रत्ययः लृट् लकारः अस्ति चेत् स्या विकरणप्रत्ययः, लकारनिमित्तिकविकरणप्रत्ययः आदौ आयाति, पश्चादेव तिङ् प्रत्ययः आयाति आर्धधातुकलकारेषु। एवं रीत्या एतादृशक्रमेण अस्मिन् क्रमे एव तिङ् प्रत्ययाः आयान्ति इति स्मर्तव्यः अंशः। अपि च अन्यविषयः कः, क्रियापदस्य निर्माणसमये धातुः एव प्रकृतिः, नामपदस्य निर्माणसमये प्रातिपदिकम् एव प्रकृतिः भवति। क्रियापदस्य निर्माणसमये इत्युक्ते न केवलं तिङन्तानां प्रसङ्गे, कृदन्तानां प्रसङ्गे अपि प्रत्ययः तिङ् प्रत्ययः वा भवतु कृत् प्रत्ययः वा भवतु, धातुः एव प्रकृतिः इति तत्र विषयः अस्ति। अपि च अस्मिन् सन्दर्भे एव त्रीणि अधिकारसूत्राणि पठितानि अस्माभिः, धातोः प्रत्ययः परश्च इति त्रीणि अधिकारसूत्राणि वयं पठितवन्तः। सूत्रत्रयेण किम् उच्यते, धातोः इत्यस्मिन् अधिकारे धातोः इति अधिकारसूत्रस्य अधिकारः सम्पूर्णतृतीयाध्यायपर्यन्तम् अस्ति, इत्युक्ते तृतीयाध्याये धातुभ्यः प्रत्ययाः विधीयन्ते, किन्तु प्रत्ययाधिकारः तृतीयाध्याये चतुर्थाध्याये पञ्चमाध्याये च अस्ति। तृतीयाध्याये धातुतः प्रत्ययाः विधीयन्ते, चतुर्थाध्याये प्रातिपदिकात् प्रत्ययाः विधीयन्ते, पञ्चमाध्याये अपि एवमेव प्रातिपदिकात् इत्युक्ते तद्धितप्रत्ययाः, स्त्रीप्रत्ययाः, सुप्रत्ययाः एते प्रत्ययाः प्रातिपदिकात् विधीयन्ते चतुर्थाध्याये पञ्चमाध्याये च। अपि च प्रत्ययात् पूर्वं यावदस्ति तत् अङ्गम् इति वदामः। अङ्गम् इति वक्तुमिच्छामश्चेत् तिङ् प्रत्ययस्य कृते अङ्गं किं भवति, धातुविकरणयोः मेलनेन यद् संयुक्तं रूपम् आयाति तत् संयुक्तं रूपं सर्वं तिङ् प्रत्ययस्य कृते अङ्गं भवति। इतोपि किं पठितं, संस्कृतभाषायाम् उपद्विसहस्रं धातवः सन्ति, ते सर्वे धातवः दशसु गणेषु विभक्ताः सन्ति, ते दशगणाः पुनः गणद्वये विभक्ताः सन्ति। अङ्गम् आधारीकृत्य अङ्गम् अदन्तम् अस्ति वा अङ्गम् अनदन्तम् अस्ति वा इत्यस्य आधारेण विभजनं कृतम् अस्ति. चतुर्षु गणेषु अदन्तम् अङ्गं सिध्यति. भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे एतेषु चतुर्षु गणेषु अङ्गमदन्तं सिध्यति. अङ्गम् इति कथनेन तिङ् प्रत्ययस्य कृते अङ्गं धातुविकरणयोः संयुक्तं रूपम् अङ्गम् अस्ति. चतुर्षु गणेषु अङ्गमदन्तम् अस्ति. अन्येषु षट्सु गणेषु अनदन्तम् अङ्गम् अस्ति. अङ्गमदन्तम् अस्ति चेत् सिद्धतिङ् प्रत्ययाः भिन्नाः, अनदन्तम् अस्ति चेत् सिद्धतिङ् प्रत्ययाः भिन्नाः इति एका वार्ता अस्ति. भवति इति तिङन्तपदस्य निर्माणसमये तिङ् प्रत्ययस्य कृते अङ्गं भवति भव. भव इत्यत्र अन्ते ह्रस्वकारः अस्ति, अतः अदन्तम् अङ्गम् इति वदामः. भूधातोः परं कर्त्रार्थकसार्वधातुकतिप्रत्ययः अस्ति तत्र. इत्युक्ते भूधातुः कर्त्रार्थकसार्वधातुकतिप्रत्ययं द्रष्टुं शक्नोति. मध्ये प्रत्ययः नास्ति, तदर्थमेव मध्ये गणविकरणप्रत्ययः आगन्तुं शक्नोति. इत्युक्ते भूधातुः तिङ् प्रत्ययं द्रष्टुं शक्नोति इति कारणतः गणविकरणप्रत्ययः आगन्तुं शक्नोति. अतः एव सार्वधातुकलकारेषु गणचिन्तनं करणीयम्. अपि च अन्यविषयः निमित्तमस्ति चेदेव कार्यं भवति. कार्यकारणसम्बन्धः अस्ति. कर्त्रार्थकसार्वधातुक तिङ्प्रत्ययं निमित्तीकृत्य अत्र शपायाति. अत्र निमित्तं किं? कर्त्रार्थकसार्वधातुक तिङ्प्रत्ययः निमित्तमस्ति इति कारणतः मध्ये गणविकरणप्रत्ययः आयाति. कार्यं भवितुं कारणम् आवश्यकम्. कारणमिति पदं णिजन्तयुक्तं ल्युडन्तमस्ति. तस्य रूपसिद्धिः कथं भवति इति ई पत्रे प्रेषितवती. अपि च पूर्वस्मिन् करपत्रे इतोपि किं दत्तं? वदति इति रूपनिर्माणसमये वद् धातुतः आदौ तिङ्प्रत्ययः आयाति. इत्युक्ते वद् धातुना तिङ्प्रत्ययः दृश्यते, अतः एव मध्ये शपायाति इति लट्लकारप्रसङ्गे पठितम्. लुट्लकारः आर्धधातुकलकारः. वदिष्यति इति उदाहरणं वयं पठितवन्तः. वदिष्यति इति पदस्य निर्माणावसरे आदौ स्या लकारनिमित्तिकविकरणप्रत्ययः आयाति, पश्चादेव तिङ्प्रत्ययः आयाति. इत्युक्ते तिङ्प्रत्ययः कदा आयाति, कस्मिन् स्तरे आयाति, कस्यां दशायां तिङ्प्रत्ययः आयाति, तत्र क्रमः कः इत्यस्य आधारेण लकाराः द्विधा विभज्यन्ते. इत्युक्ते सार्वधातुकाः, आर्धधातुकाः एतादृशं नामकरणं कृतमस्ति. सार्वधातुकलकारः, आर्धधातुकलकारः इति नामद्वयम् अष्टाध्याय्यां न उक्तमस्ति. अष्टाध्याय्यां सार्वधातुकप्रत्ययः, आर्धधातुकप्रत्ययः इति नामद्वयं दत्तमस्ति. तिंशित् सार्वधातुकम् आर्धधातुकं शेषः इति सूत्रद्वयेन प्रत्ययानां प्रसङ्गे उक्तमस्ति, किन्तु लकाराणां प्रसङ्गे न उक्तमस्ति. किमर्थम् एतादृशं विभजनं कृतं मातृभिः इति प्रश्ने सति अष्टाध्याय्याः सम्पूर्णपरिशीलनं कृत्वा, निमित्तानि सर्वाणि परिशील्य, ग्रन्थस्य अवलोकनं कृत्वा अष्टाध्याय्यां सूत्राणि कथं सन्ति इत्यस्य आधारेण माताजी एतादृशं विभजनं कृतवती. अनेन सौलभ्यमस्ति. अपि च अयं विषयः अन्यः. येषां धातूनां गुणप्रसङ्गः नास्ति तेषां धातूनां स्थापनं भुवादिगणे भवति वा तुदादिगणे भवति वा? इत्युक्ते तेषां धातूनां प्रसङ्गे गुणविषयः नास्ति. इत्युक्ते धातुः तादृशः अस्ति, यथा पठ्, चल् इति धातुद्वयमस्ति चेत् सः धातुः भुवादिगणे स्थापितं वा अथवा तुदादिगणे स्थापनीयं वा इति प्रश्नः आयाति. तत्र निर्णयः केन आधारेण भवति इति प्रश्ने सति तत्र स्त्रीलिङ्गशत्रन्तरूपाणि द्रष्टव्यानि. स्त्रीलिङ्गशत्रन्तरूपेषु नुमागमः भवति. धातुः भुवादिगणे अस्ति चेत् स्त्रीलिङ्गशत्रन्तरूपेषु नुमागमः नित्यरूपेण भवति. पठ् धातुः भुवादिगणे अस्ति इति कारणतः तस्य एकमेव रूपम् अस्ति, पठन्ती इति रूपमेव अस्ति. नित्यरूपेण नुमागमः भवति भुवादिगणे. किन्तु तुदादिगणे चल् धातुः अस्ति. चल् धातुः तुदादिगणे किमर्थं स्थापितम् इत्युक्ते चल् धातोः स्त्रीलिङ्गशत्रन्त एकवचनरूपं तत्र नुमागमः विकल्पेन भवति, वैकल्पिकं रूपम् अस्ति. चलती चिन्तयति, चलन्ती चिन्तयति इति रूपद्वयं, चलती चलन्ती इति रूपद्वयमस्ति इति कारणतः सः धातुः तुदादिगणे स्थापितमस्ति. इत्युक्ते येषां धातूनां गुणप्रसङ्गः नास्ति तस्यां दशायां सः धातुः भुवादिगणे भवति वा तुदादिगणे भवति वा इत्यस्य निर्णयः स्त्रीलिङ्गसत्रन्तरूपाणाम् आधारेण भवति इति आरम्भे एव वयं पठितवन्तः, किन्तु केवलं पुनःस्मरणम्। अद्य वयं नूतनकरपत्रं प्रति सरेम, नूतनकरपत्रम् उद्घाटयन्तु। रोहिणी भगिनी कृपया आरम्भं करोतु।
सार्वधातुकलकाराः आर्धधातुकलकाराः च अधिकचिन्तनम्। सार्वधातुकम् आर्धधातुकम् इति नामद्वयं कुतः आगतम्? अष्टाध्याय्यां च द्वयोः नाम्नोः कीदृशव्यवहारः? सार्वधातुकम् आर्धधातुकम् इति नामद्वयं वस्तुतः पाणिनिना एव दत्तं नामकरणं भवति द्वाभ्यां संज्ञासूत्राभ्यां। तिंशित् सार्वधातुकम् तृतीयाध्याये चतुर्थपादे त्रयोदशाधिक एकशतं तमं सूत्रम्। आर्धधातुकं शेषः तृतीयाध्याये चतुर्थपादे चतुर्विंशाधिक एकशततमं सूत्रम्। इमे द्वे नामनि केषां भवतः? यत्किं च षित् च भवति तस्य नाम सार्वधातुकम्। अपि च यत् तिंश्चित् च नास्ति तस्य नाम आर्धधातुकम्। अस्तु, किन्तु यत् नाम किं? कस्य नाम भवति सार्वधातुकं, पुनः कस्य सार्धधातुकम्? अस्य प्रश्नस्य उत्तरार्थम् उपरितनसूत्रद्वयं कस्मिन् अध्याये इति द्रष्टव्यं। द्वे अपि सूत्रे तृतीयाध्याये। अस्मिन् अध्याये केषां सूत्राणाम् अधिकारः? प्रत्ययः तृतीयाध्याये प्रथमाध्याये प्रथमपादे प्रथमं सूत्रम्। अधिकारः तृतीयाध्याये प्रथमपादे प्रथमसूत्रम् आरभ्य पञ्चमाध्याये चतुर्थपादे षष्ट्यधिक एकशततमं सूत्रम्। अत्र पर्यन्तम् अतः प्रत्ययस्य अधिकारः अस्ति। परश्च तृतीयाध्याये प्रथमपादे द्वितीयं सूत्रम्। अधिकारः तृतीयाध्याये प्रथमपादे प्रथमसूत्रम् आरभ्य पञ्चमाध्याये चतुर्थपादे षष्ट्यधिक एकशतसूत्रम् अत्र पर्यन्तम्। धातोः तृतीयाध्याये प्रथमपादे एकनवतिसूत्रम्। अधिकारः तृतीयाध्याये प्रथमपादे एकनवतिसूत्रादारभ्य तृतीयाध्याये चतुर्थपादे सप्तदशाधिक एकशततमं सूत्रपर्यन्तम्। एभि अधिकारसूत्रैः अवगच्छामः यत् तृतीयाध्याये यस्य कस्यापि विधानं भवति सः धातुभ्यः विधीयते, अपि च तस्य नाम प्रत्ययः। अतः सार्वधातुकं च आर्धधातुकं च इति प्रत्ययस्य नाम तादृशः च प्रत्ययः यः धातुभ्यः विधीयते। अनेन उत्तरं प्राप्तम्। अष्टाध्याय्यां सार्वधातुकं च आर्धधातुकं च प्रत्ययानाम् एव नाम।
वदतु।
उच्यते सार्वधातुकम् आर्धधातुकम् इति नामद्वयं कुतः आगतम् इति उच्यते। तद् नामद्वयं पाणिनिना एव दत्तम् अस्ति। एतेन सूत्रेण त्रिंशत् सार्वधातुकम् अपि च आर्धधातुकं शेषः इति सूत्रद्वयेन पाणिनिना एतं नामद्वयं दत्तम्। इमे द्वे नामनि केषां भवतः इति प्रश्नस्य उत्तरं ददाति। यत् तिञ्च षित् च भवति तस्य नाम सार्वधातुकं। तिंशित् सार्वधातुकम् इति सूत्रेण तिङ् प्रत्ययः षित् प्रत्ययः यतः तस्य नाम सार्वधातुकं भवति। यत् प्रत्ययः तिङ् नास्ति षित् च नास्ति तस्य नाम आर्धधातुकं भवति। द्वे सूत्रे तृतीयाध्याये भवति, अपि च एषा सूत्राणाम् अधिकारः उच्यते। प्रत्ययः परश्च धातोः इति त्रीणि सूत्राणाम् अधिकारे एव सार्वधातुकम् अपि च आर्धधातुकं भवति।
उत्तमम्। पश्यन्तु, इमे द्वे नामनि इति अत्र द्विवचनरूपं दत्तमस्ति। नामन् इति प्रातिपदिकम् अस्ति। नपुंसकलिङ्गं प्रथमाविभक्ति द्विवचनरूपं दत्तमस्ति। इमे द्वे नामनि केषां भवतः? केषां भवतः इति प्रश्ने सति प्रत्ययानां विषये सार्वधातुकम् आर्धधातुकम् इति संज्ञाद्वयं संज्ञा इत्युक्ते नामकरणं संज्ञासूत्रेण नामकरणं दीयते इत्युक्ते सार्वधातुकम् आर्धधातुकम् इति प्रत्ययानां नामकरणं सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः इति अर्थः कः प्रत्ययः सार्वधातुकः कः प्रत्ययः आर्धधातुकः इति प्रश्ने सति अत्र सूत्रद्वयं दत्तमस्ति तिंक्षित् सार्वधातुकं गोमती भगिनी तिंक्षित् सार्वधातुकं सूत्रस्य प्रसङ्गे किञ्चित् वदतु
तिंक्षित् सार्वधातुकम् इति सार्वधातुकप्रत्ययस्य विषये पाणिनिना उक्तं तिङ् प्रत्ययः अष्टादशः सन्ति तिप्तश्चि इडुवहि महिं तत्पर्यन्तं सर्वं पूर्णतया तिङ् इति प्रत्ययः तिङ् प्रत्ययः सार्वनाम सार्वधातुकप्रत्ययः इति अर्थः भवति अनन्तरं षित् यत्र शकारः यस्य प्रत्ययस्य शकारः इत् संज्ञा भवति तस्य प्रत्ययस्य नाम अस्ति सार्वधातुकप्रत्ययः उदाहरणेन शत्रु शानच् श्लम् श्ना एते सर्वे षित् प्रत्ययः अस्ति सो तेषां नाम अपि सार्वधातुकप्रत्ययः इति
उत्तमं साधु भगिनी तदेव किञ्चित् पुनस्मरणार्थं वदन्ती अस्मि भवन्तः सर्वे जानन्ति एव तिङ् प्रत्ययाः षित् प्रत्ययाः सर्वे सार्वधातुकसंज्ञकाः षित् इत्युक्ते शकारः इत् यस्य सः इति विग्रहवाक्यं वक्तव्यं भवति षित् इति विशेषणं भवति शकारः इत् यस्य सः इति विग्रहवाक्यम् अस्ति चेत् तस्मिन् पदे बहुव्रीहिसमासः अस्ति कीदृशबहुव्रीहिः समानाधिकरणबहुव्रीहिः षित् इति प्रत्ययस्य विशेषणं भवति बहुव्रीहिसमासस्य प्रसङ्गे अन्यपदार्थप्राधान्यं वर्तते अन्यपदार्थप्रधानः बहुव्रीहिः अतः षित् इति प्रत्ययस्य विशेषणं भवति तिंक्षित् सार्वधातुकम् इत्यस्मिन् सूत्रे तिंक्षित् इति प्रथमान्तं सार्वधातुकम् अपि प्रथमान्तं सूत्रे प्रथमान्तपदानि सन्ति चेत् साधारणतया संज्ञासूत्रं भवति इति मम परिशीलनमस्ति षित् इति प्रत्ययानां प्रसङ्गे उक्तमस्ति इत्युक्ते षित् इति प्रत्ययस्य उल्लेखः इति अपि च धातुभ्यः विधीयमानाः प्रत्ययाः एव आर्धधातुकाः सार्वधातुकाः भवन्ति धातुभ्यः विधीयमानाः प्रत्ययाः एव आर्धधातुकसंज्ञा अथवा सार्वधातुकसंज्ञां प्राप्नुवन्ति भिन्नरीत्या वदामि प्रातिपदिकात् विधीयमानः प्रत्ययः सार्वधातुकः आर्धधातुकः इति न वदामः केवलं धातुभ्यः विधीयमानः प्रत्ययाः एव सार्वधातुकसंज्ञकाः अथवा आर्धधातुकसंज्ञकाः भवन्ति तिङ् प्रत्ययानां प्रसङ्गे भगिनी उक्तवती अष्टादश तिङ् प्रत्ययाः सन्ति तिप्तस् झि सिप्तस्थ मिप् वस् मस् तावत्पर्यन्तं परस्मैपदी प्रत्ययाः ता आतां छा था सा थां ध्वम् इड्वहि महिम् एते नवप्रत्ययाः आत्मनेपदसंज्ञकप्रत्ययाः सन्ति अष्टादश तिङ् प्रत्ययाः तिंक्षित् सार्वधातुकं सूत्रेण सार्वधातुकसंज्ञकाः अपि च षित् प्रत्ययाः इति कथनेन षित् प्रत्ययेषु विभागद्वयमस्ति षित् प्रत्ययेषु विकरणप्रत्ययाः वयं जानीमः खलु दिवादिभ्यः श्यन् श्यन् विकरणप्रत्ययः अस्ति स्वादिभ्यः श्नुः तत्र श्नु विकरणप्रत्ययः श्यन् विकरणप्रत्ययः श्या प्रत्ययः अपि च शप् एतेषु विकरणप्रत्ययेषु शकारः इति संज्ञकः अस्ति इति कारणतः एते विकरणप्रत्ययाः अपि सार्वधातुकसंज्ञकाः अपि च कृत् प्रत्ययाः सन्ति कृत् प्रत्ययाः इत्युक्ते धातुभ्यः विधीयमानः प्रत्ययः तिङ् नास्ति चेत् कृत् भवति कृदतिङ् इति सूत्रेण कृत् भवति तादृशकृत् षित् प्रत्ययाः सार्वधातुककृत् प्रत्ययाः अपि सन्ति किन्तु परिचितः सार्वधातुककृत् प्रत्ययाः के शत्रु शाणच् एतत् प्रत्ययद्वयं षित् कृत् प्रत्ययद्वयम् इत्युक्ते सार्वधातुकप्रत्ययद्वयं शत्रन्तरूपसिद्धौ शाणजन्तरूपसिद्धौ अपि एतादृशम् इत्युक्ते सार्वधातुकलकारेषु यादृशं चिन्तनं भवति तादृशं चिन्तनमेव तत्रापि भवति किन्तु तत्र अन्यानि सूत्राणि अपि आवश्यकानि शत्रन्तरूपसिद्धौ अपि सः धातुः भुवादिगणे अस्ति चेत् शपायाति सः धातुः दिवादिगणे अस्ति चेत् ह्यन् आयाति. इत्युक्ते तत्रापि सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् तिङन्तरूपसिद्धौ यादृशानि कार्याणि भवन्ति तादृशरीत्या एव भवति. इत्युक्ते एतत् सर्वं मिलित्वा किं वदामः, सार्वधातुकप्रक्रिया. सार्वधातुकप्रक्रिया इति कथनेन सार्वधातुक तिङन्तप्रक्रिया, सार्वधातुककृदन्तप्रक्रिया च. अपि च तिङ्क्षित् सार्वधातुकम् इति पदं समस्तपदम् अस्ति. तत्र विग्रहवाक्यं किं भवति, तिङ्च षित् च तयोः समाहारः इति विग्रहवाक्यम्. इत्युक्ते तिङ्क्षित् इति समस्तपदं, तिङ्च षित् च तयोः समाहारः. तस्मिन् पदे समाहारद्वन्द्वसमासः अस्ति. द्वन्द्वसमासस्य प्रसङ्गे प्रकारद्वयमस्ति, समाहारद्वन्द्वः, इतरेतरद्वन्द्वः. अत्र समाहारद्वन्द्वः एव अस्ति. किमर्थम् इतरेतरद्वन्द्वः नास्ति इति प्रश्नः आयाति. तिङ्क्षित् कीदृशं, तिङ्क्षित् सार्वधातुकम् इति तत्र उत्तरमस्ति. इत्युक्ते तिङ्क्षित् अपि च सार्वधातुकम् अनयोः मध्ये विशेषणविशेष्यभावः वक्तव्यः. विशेषणविशेष्यभावः वक्तव्यः चेत् तदा तत्र समाहारद्वन्द्वः एव भवितव्यम्. तत्र इतरेतरद्वन्द्वसमासं कृत्वा वक्तुमिच्छामश्चेत् तत्र रूपं किं भवति, तिङ्क्षिति सार्वधातुके इति भवति स्म. किन्तु पाणिनिः तथा वक्तुं न इच्छति. इत्युक्ते लाघवार्थम् अत्र समाहारद्वन्द्वसमासं कृत्वा तिङ्क्षित् इति पदं स्थापितवान्. इतरेतरद्वन्द्वसमासं कृत्वा वदामश्चेत् तिङ्क्षिति इति भवति. अपि च सार्वधातुकम् इत्यस्य प्रसङ्गे सार्वधातुके इति भवनीयम्. तादृशरीत्या करोति चेत् तत्र अधिकाक्षराणि भवन्ति इति कृत्वा लाघवार्थम् एवं समाहारद्वन्द्वसमासं कृत्वा तिङ्क्षित् इति उक्तवान्. तिङ् प्रत्ययानां समूहः षित् प्रत्ययानां समूहः इति अर्थः. अत्र समूहार्थे समाहारद्वन्द्वसमासः कृतः. आहत्य तिङ्च षित् च तयोः समाहारः इति. आर्धधातुकं शेषः इत्युक्ते ये तिङ्गः न सन्ति, षितः न सन्ति, अन्ये सर्वे आर्धधातुकं शेषः सूत्रेण आर्धधातुकसंज्ञकाः भवन्ति इति वार्ता. आहत्य अस्माकं विषयः कः, धातुभ्यः विधीयमानः प्रत्ययः एव सार्वधातुकः अथवा आर्धधातुकः वा भवितुमर्हति. अत्र प्रत्ययानां प्रसङ्गे एव एतादृशं नामकरणं दत्तमस्ति, न तु धातोः प्रसङ्गे. अपि च रोहिणी भगिन्या उक्तमेव, कथं ज्ञायते प्रत्ययानां प्रसङ्गे एव इदं सूत्रद्वयम् इति. इत्युक्ते इदं सूत्रद्वयं तृतीयाध्याये अस्ति. तृतीयाध्याये कस्य अधिकारः अस्ति, एतेषां त्रयाणां सूत्राणाम् अधिकारः अस्ति. धातोः इति अधिकारसूत्रमस्ति इति कारणतः धातोः परं प्रत्ययाः विधीयन्ते तृतीयाध्याये. अपि च अत्र प्रत्ययाधिकारः अस्ति. परश्च इति सूत्रेण किमुच्यते, सर्वदा प्रकृतेः परम् एव प्रत्ययाः विधीयन्ते.
भगिनी मम एकः संशयः अस्ति भगिनि.
वदतु.
धातोः अनन्तरं कोऽपि भवति तस्य नाम प्रत्ययः इति वक्तुं शक्नुमः वा?
धातोः परं
किमपि अस्ति तदेव प्रत्ययः, और् प्रत्ययः सर्वदा धातोः परे तद् तत् अवगतं. प्रत्ययः सर्वदा धातोः परे एव आगच्छति, तत् पूर्णतया अवगतं. परन्तु प्रत्ययः इत्युक्ते कः? प्रत्ययः इत्युक्ते यः कोऽपि धातोः अनन्तरम् आगच्छति सः प्रत्ययः इति वक्तुं शक्नुमः.
प्रातिपदिकात् परमपि प्रत्ययः आगन्तुं शक्नोति खलु?
धातोः अपि प्रत्यय आगत लट् लकार लङ् लकार दे आर् आल् प्रत्ययाः एव. प्रत्ययाः लट् लस्य इति तदपि प्रत्ययः एव, ते अपि प्रत्ययाः एव.
मम संशयः तद् नास्ति भगिनि, प्रत्ययः तस्य निर्वचनं किमपि अस्ति वा? प्रत्ययः इत्युक्ते धातोः परे यत् योग्य कोऽपि आगच्छति तस्य नाम प्रत्ययः इति वक्तुं शक्नुमः वा?
धातोः परे इति न वक्तव्यं भगिनि. किमर्थं चेत् प्रत्ययाधिकारः त्रिषु अध्यायेषु अस्ति, प्रकृतितः प्रत्ययाः विधीयन्ते. प्रकृतिः धातुः भवितुमर्हति, प्रातिपदिकम् अपि भवितुमर्हति.
आं भगिनि, आम् आं
भगिनि, एतादृशं वक्तुं शक्यते वा प्रकृतेः अनन्तरं यद् आगच्छति तद् प्रत्ययः इति?
तत्तु सत्यं,
प्रातिपदिकमस्ति चेत् प्रातिपदिकात् परं सुप्रत्ययाः आयान्ति, अपि च तद्धितप्रत्ययाः आयान्ति, स्त्रीप्रत्ययाः आयान्ति इति कृत्वा तत्र धातोः परं यदस्ति सः एव प्रत्ययः इति वक्तुं शक्यते वा? इत्युक्ते प्रकृतेः परं यदस्ति सः प्रत्ययः इति वक्तुं शक्यते. इतोपि अन्यनिर्वचनम् अस्ति वा प्रत्ययः इत्यस्मिन् प्रसङ्गे?
I couldn't find anywhere bhagini. Mama limit asti. So I couldn't find any other nirvachana.
Chintayantu. Ekavaram drishtavati kinchit vadami. Kati pratyayah santi iti jignyasa agata. Ahatya kati pratyayah santi.
Shadva. Shadva.
Sapta.
Kati prakarakah santi iti bhavantah vadanti. Vadantu.
सुप्रत्ययः, कृत् प्रत्ययः, तिङ् प्रत्ययः, स्त्रीप्रत्ययः, तद्धितप्रत्ययः, विकरणप्रत्ययः,
अपि च
आम् आं भगिनि, सनादिप्रत्ययः अपि द्वादशसनादिप्रत्ययः न भगिनि?
उत्तमं.
सप्तविधाः प्रत्ययाः सन्ति खलु भगिनि?
वीणा भगिनि इतोपि वक्तुमिच्छति वा सप्तविधप्रत्ययानां?
तिङ् सुप् विकरणप्रत्ययाः, सनादिप्रत्ययाः, कृत् प्रत्ययः, तद्धित् प्रत्ययाः, स्त्रीप्रत्ययाः, तावदेव.
सनादिप्रत्ययाः इति कथनेन णिच् प्रत्ययं जानीमः खलु. णिच् प्रत्ययः, णिङ् प्रत्ययः, द्वादश सनादिप्रत्ययाः सन्ति.
उणादिप्रत्ययः अपि अस्ति किल? उणादिप्रत्ययः
सः भिन्नविषयः. तिङ् प्रत्ययानां प्रसङ्गे वयं जानीमः खलु, अष्टादश तिङ् प्रत्ययाः सन्ति. विकरणप्रत्ययाः, विकरणप्रत्ययाः इति कथनेन गणविकरणप्रत्ययाः अपि च लकारनिमित्तिकविकरणप्रत्ययाः आहत्य मिलित्वा विंशतिः सन्ति. द्वादश सनादिप्रत्ययाः, विंशतिः विकरणप्रत्ययाः, अष्टादश तिङ् प्रत्ययाः. सुप्रत्ययान् जानीमः खलु, एकविंशतिः इत्युक्ते एकविंशतिरूपाणि सन्ति सुबन्तरूपाणि, अतः एकविंशति सुप्रत्ययाः सन्ति. अपि च दश स्त्रीप्रत्ययाः सन्ति. कृत्प्रत्ययाः, कृत्प्रत्ययाः इत्युक्ते ये प्रत्ययाः धातुभ्यः विधीयन्ते किन्तु तिङ्गः न सन्ति, तादृशप्रत्ययाः चतुर्विंशत्यधिक एकशतं सन्ति. अपि च तद्धितप्रत्ययाः बहवः सन्ति, इत्युक्ते पञ्चसप्तत्यधिकद्विशतं 275 तद्धितप्रत्ययाः सन्ति. आहत्य 480 प्रत्ययाः सन्ति. अग्रे सरेम.
एकवारं पुनः वदतु भगिनि, कृत् प्रत्ययाः कति सन्ति?
124.
विकरणप्रत्ययाः?
विंशतिः 20 सन्ति. गणविकरणप्रत्ययाः सन्ति अपि च लकारनिमित्तिकविकरणाः अपि सर्वं मिलित्वा विंशतिः. कृत्प्रत्ययाः चतुर्विंशत्यधिक एकशतम् इत्युक्ते 124 सन्ति. किन्तु मम चिन्तनमस्ति सर्वे कृत्प्रत्ययाः सर्वेभ्यः धातुभ्यः न विधीयन्ते, केचन प्रत्ययाः केभ्यश्चित् धातुभ्यः एव विधीयन्ते, केचन कृत्प्रत्ययाः सर्वेभ्यः धातुभ्यः विधीयन्ते, यथा ल्युट् प्रत्ययः. ल्युट् प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः भवति. अग्रे सरेम. वीणा भगिनी भवती पठतु.
द्वितीयबिन्दुः. सार्वधातुकधातुः नाम कः? आर्धधातुकधातुः नाम कः? धातूनाम् एतादृशनामकरणं किमपि नास्ति एव. धातोः विभजनं सार्वधातुकत्वेन, आर्धधातुकत्वेन च न क्रियते. सार्वधातुकप्रत्ययः नाम कः? आर्धधातुकप्रत्ययः नाम कः? यः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ् अथवा षित् अस्ति स च सार्वधातुकप्रत्ययः. तिङ्षित् सार्वधातुकं तृतीयाध्याये चतुर्थपादे त्रयोदश अधिक एकशतं सूत्रम् अस्ति इति सूत्रम्. यः प्रत्ययः धातुभ्यः विधीयते अपि च न तिङ् न वाशित् अस्ति स च अर्धधातुकप्रत्ययः अर्धधातुकं शेषः तृतीयाध्याये चतुर्थपादे चतुर्दश अधिक एकशतं सूत्रम् इति सूत्रम् अस्ति. भगिनी भवती किम् उक्तवती तदेव अस्ति अत्र, किमपि अधिकं नास्ति. अर्धधातुकप्रत्ययः किं सार्वधातुकप्रत्ययः किम् इति अत्र उक्तम् अस्ति. तिंशित् अस्ति चेत् तत् सार्वधातुक प्रत्ययः भवति. अर्धधातुक इत्युक्ते तिङ् अथवा षित् नास्ति चेत् अर्धधातुकः भवति. तत्र सूत्रम् अस्ति अर्धधातुकं शेषः इति सूत्रेण अर्धधातुक इति भवति. तिङ् अथवा षित् अस्ति चेत् तिङ् इत्युक्ते अष्टादश तिङ् प्रत्ययाः, षित् अस्ति चेत् दशविकरणप्रत्ययः, दश नास्ति उकार उ न आगच्छति. षित् षकार कुत्र कुत्र इत् अस्ति तत् सर्वं सार्वधातुकः भवति. तथा शत्रुप्रत्ययः शानच् प्रत्ययाः अपि षित् प्रत्ययाः भवन्ति. ते सर्वे सार्वधातुकधातुः भवन्ति, अन्ये सर्वे अर्धधातुकधातवः.
धातूनां प्रसङ्गे नास्ति खलु, प्रत्ययानां प्रसङ्गे.
प्रत्ययः, क्षम्यतां भगिनी, प्रत्ययः.
उत्तमं. यः प्रत्ययः धातुभ्यः विधीयते सः प्रत्ययः तिङ्वाशित्वं नास्ति चेत् आर्धधातुकं शेषः इत्यनेन आर्धधातुकप्रत्ययः. एतावत्पर्यन्तं प्रत्ययानां प्रसङ्गे वयं चिन्तनं कृतवन्तः, किन्तु अस्माकं विषयः अस्ति सार्वधातुकलकारः आर्धधातुकलकारः इति. तादृशं विभजनं किमर्थं कृतमस्ति इति अवगन्तव्यम्. अग्रे पठतु.
चतुर्थबिन्दुः अस्ति सार्वधातुकलकारः इत्युक्ते किम्. यस्मिन् लकारे धातोः अनन्तरं कर्तर्थकः सार्वधातुकप्रत्ययः साक्षात् दृश्यते तस्मिन् लकारे कर्तरि शप् तृतीयाध्याये प्रथमपादे अष्ट षष्टिः इत्यनेन शप् विधीयते अपि च तदर्थमेव स च सार्वधातुकलकारः. तदर्थं किम् इति चेत् शपः विधानमेव सार्वधातुकलकारः इति नामकरणस्य निमित्तम्. यत्र कर्तर्थक अस्ति, लकारः कर्तर्थके अस्ति, तथा कर्तरि शप् इति कारणेन शप् प्रत्ययः आगच्छति. शप् विधानम् एव वयं सार्वधातुकलकारः इति वक्तुं शक्नुमः. तदेव निमित्तम् अपि अस्ति कर्तरि शप् इति सूत्रेण एव. यदा लट्लकारस्य विवक्षता अस्ति चेत् तत्र कर्तरि शप् इति सूत्रेण आगच्छति एव वर्तमानकालस्य लट्लकारस्य. तदा शप् इति प्रत्ययस्य शकारपकारः इत्संज्ञा भवति, अ इति आकृतिः अवशिष्यते. तत् कारणेन एव तत्र सार्वधातुकलकारः इति अपि नामकरणं दत्तम् अस्ति.
अत्र यद्यपि इन्वर्टेड् कामास् नास्ति, किन्तु अत्र निर्वचनं दत्तमस्ति. अत्र प्रत्येकं पदम् अस्माकं मनसि भवेत्. यस्मिन् लकारे धातोः अनन्तरं कर्त्रर्थकसार्वधातुकप्रत्ययः साक्षात् दृश्यते, धातोः अनन्तरं कर्त्रर्थकसार्वधातुकप्रत्ययः साक्षात् दृश्यते तस्मिन् लकारे एव कर्तरि शप् सूत्रेण शप् विधीयते, तदर्थमेव सः लकारः सार्वधातुकलकारः. अस्माकं विवक्षा भूधातुः, अपि च लट्लकारविवक्षा अस्ति. प्रथमपुरुष एकवचनरूपम् अस्माकं विवक्षा अस्ति. भवति इति प्रथमपुरुष एकवचनविवक्षा अस्ति. आदौ धातुं स्वीकुर्मः, भू इति धातुं स्वीकुर्मः, पश्चात् वर्तमाने लट् सूत्रेण लट् आयाति, पश्चात् लट् इत्यस्मात् ला एव शिष्यते. लस्य सूत्रेण तत्र प्रथमपुरुषे एकवचन तिङ्प्रत्ययः तिप्रत्ययः आयाति. इत्युक्ते भूधातुना तिप्रत्ययः साक्षात् दृश्यते. तिप्रत्ययः कीदृशः? तिप्रत्ययः कर्त्रार्थकः. कर्त्रार्थकः इत्युक्ते कर्तरिप्रयोगे एव तस्य प्रयोगः भवति. अपि च तिप्रत्ययः सार्वधातुकसंज्ञकः. अत्र निकषाद्वयमस्ति अथवा नियमद्वयम् उक्तमस्ति. धातोः परं कीदृशप्रत्ययः भवेत्? कर्त्रर्थकप्रत्ययः अपि च सार्वधातुकप्रत्ययः. धातुः कर्त्रर्थकसार्वधातुकप्रत्ययं द्रष्टुं शक्नोति चेदेव तस्मिन् लकारे कर्तरि शप्सूत्रेण शपायाति. शपायाति इति कृत्वा एव सः लकारः सार्वधातुकलकारः इति वदामः. इत्युक्ते आर्धधातुकलकारेषु एतादृशी स्थितिः न दृश्यते इति विषयः. तिप्रत्ययः कर्त्रर्थकसार्वधातुकप्रत्ययः. कर्मार्थकप्रत्ययः अस्ति चेत् कर्तरि शप् सूत्रेण शप् न आयाति इति विषयः. तदेव स्पष्टतया अग्रिमे परिच्छेदे लिखितमस्ति. इत्युक्ते धातोः अनन्तरं कर्त्रर्थकप्रत्ययः नास्ति चेत् कर्तरि शप् न आयाति. सुन्दरमहोदय, भवान् पठतु अग्रे सूत्रस्य प्रसङ्गे.
अस्मिन् क्रमे भू लट् तदेव किल
कर्तरि शप्.
कर्तरि शप्, ओके. कर्तरि शप् तृतीय अध्याये प्रथमपादे षष्टितमं सूत्रं कर्तृत्वे सार्वधातुकप्रत्ययः परे अस्ति चेत् धातुतः शप् प्रत्ययः भवति. धातुतः शप् प्रत्ययः भवति भवति. अत्र कर्तृत्वे कर्तरिप्रयोगः इति बोध्यम् कर्तृर्थे कर्तरिप्रयोगः इति बोध्यम्. भावे कर्मणि च शप् प्रत्ययः न विधीयते. भावे एवं भावे प्रयोगे एवं कर्मणि प्रयोगे शप् प्रत्ययः न विधीयते. अनुवृत्तिसहितं सूत्रं सहितसूत्रं कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः. अत्र कर्तरिप्रयोगे एव शप् प्रत्ययः विधीयते. कर्मणि प्रयोगे वा अथवा भावे प्रयोगे वा शप् प्रत्ययः कदापि न विधीयते इति लिखितम्. अनुवृत्ति सहितसूत्रम् अस्ति कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः. अनुवृत्तिसहितसूत्रस्य अर्थं कथयामि वा?
वदतु.
कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः. कर्तरि इति प्रथमा विभक्ति. सार्वधातुके इति सप्तमी विभक्ति. सति सप्तमी इति मन्ये. धातोः परश्च शप् प्रत्ययः विहितः इति मन्ये. धातोः परश्च धातोः इति षष्टिविभक्ति.
किञ्चित् चिन्तयामः. अत्र अनुवृत्तिसहितसूत्रं पश्यन्तु. कर्तरि इति पदमस्ति. कर्तरि इति पदं कर्तृ इति प्रातिपदिकस्य सप्तमी विभक्ति एकवचनरूपम् अस्ति. कर्तृ इति प्रातिपदिकमस्ति चेत् प्रथमाविभक्तिरूपं कर्ता भवति. सप्तमी विभक्ति एकवचनरूपं कर्तरि. कर्तरि सप्तम्यन्तं. सार्वधातुके इति सप्तम्यन्तं पदमस्ति. द्वयोर्मध्ये विशेषणविशेषभावः अस्ति, किन्तु इतोपि स्पष्टतया ज्ञातव्यं. कथम् अवगन्तव्यं सूत्रम् इत्युक्ते, धातोः परश्च शप् प्रत्ययः कर्तरि सार्वधातुके धातोः इति पञ्चम्यन्तमस्ति. धातोः परम् आयाति इति कृत्वा परश्च इति अधिकारसूत्रमस्ति. शप् इति प्रथमान्तं पदमस्ति. सूत्रेषु प्रथमान्तं पदमस्ति चेत् आदेशः, आगमः, लोपः, नामकरणम् इत्यादिषु अन्यतमं कार्यं भवति इति कृत्वा शप् विहितः भवति, शपः विधानं भवति. इत्युक्ते शप् प्रत्ययः आयाति धातोः परं. कदा? निमित्तं किम् इति प्रश्ने सति कर्तरि सार्वधातुके इत्युक्ते कर्तृर्धकसार्वधातुकप्रत्ययः धातोः परमस्ति चेत् तदानीम् एव शप् प्रत्ययः विहितः भवति. कर्तरि सार्वधातुके अनयोर्मध्ये विशेषणविशेष्यभावः इति वक्तुं न शक्यते. अत्र कीदृशी स्थितिः अस्ति इत्युक्ते, अत्र कर्तरि इति पदं विशेषणमस्ति, सार्वधातुके इति पदमपि विशेषणम्. अत्र विशेष्यं किम्?
विशेष्यं प्रायः शप् इति विशेषणं वा?
प्रत्ययः विशेषणविशेष्यभावः इति वक्तुमिच्छामश्चेत् प्रत्ययः इति विशेष्यमस्ति, कर्तरि सार्वधातुके इति पदद्वयं, प्रत्ययस्य विशेषणद्वयम् इति वक्तव्यं भवति.
परन्तु विभक्ति अन्यविभक्ति कथं भवितुम् अर्हति? प्रत्ययः इत्यस्य विभक्ति एव यदि विशेषणम् अस्ति, विशेष्य विशेषणविशेष्यभावः अस्ति, तर्हि प्रत्यये इति सप्तमीविभक्ति भवितुं भवनीयं किल?
अत्र कर्तरि इति एकं विशेषणं, सार्वधातुके इति अन्यद् विशेषणं. कस्मिन् प्रसङ्गे उक्तम् अस्ति? प्रत्ययस्य विषये उक्तमस्ति. प्रत्ययः एव विशेष्यं भवति. एकस्मिन् करपत्रे वयं पठितवन्तः, सूत्रेषु पञ्चम्यन्तं पदमस्ति चेत् परकार्यं भवति, पूर्वनिमित्तं भवति. सूत्रेषु सप्तम्यन्तं पदम् अस्ति चेत् पूर्वकार्यं भवति, परनिमित्तम् अस्ति. कर्त्रर्थकसार्वधातुकप्रत्ययः परः अस्ति, तदर्थं तस्मात् पूर्वं कार्यं भवति. सूत्रेषु पञ्चम्यन्तं पदमस्ति चेत् तस्य अर्थः परकार्यं, पूर्वनिमित्तं. सप्तम्यन्तं पदमस्ति चेत् पूर्वकार्यं, परनिमित्तम्. अतः अत्र धातोः परं कर्त्रर्थकसार्वधातुकप्रत्ययः अस्ति चेत् शपः विधानं भवति, शप् प्रत्ययः आयाति. इत्युक्ते येषु येषु लकारेषु कर्त्रर्थकसार्वधातुक तिङ्प्रत्ययः वा भवतु, कृत् प्रत्ययः वा भवतु, न केवलं तिङ्प्रत्ययानां प्रसङ्गे, सार्वधातुककृदन्तानां प्रसङ्गे अपि एतादृशं चिन्तनं करणीयम्. इत्युक्ते न केवलं चतुर्षु लकारेषु, सार्वधातुककृदन्तानां प्रसङ्गे, इत्युक्ते शत्रुप्रत्ययः, शाणच् प्रत्ययः, तयोः रूपसाधनवेलायाम् अपि धातुना सः प्रत्ययः दृश्यते इति कारणतः, षित् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति इति कारणतः तत्रापि गणविकरणप्रत्ययः आगन्तुं शक्नोति इति एकः विषयः. तस्मिन् प्रसङ्गे इतोपि किं ज्ञातव्यं? शत्रु शाणच् सार्वधातुकसंज्ञकौ. किमर्थं चेत् शत्रु शाणच् इत्यत्र शकारः इति संज्ञकः अस्ति इति कारणतः सार्वधातुकसंज्ञां प्राप्नोति शत्रुप्रत्ययः, अपि च शाणच् प्रत्ययः. शत्रुप्रत्ययः, शाणच् प्रत्ययः कर्तरिप्रयोगे आयाति, किन्तु तत्र स्मर्तव्यः अंशः अस्ति. कर्मणि शाणच् अपि अस्ति. कस्मिन् प्रसङ्गे वदन्ति अस्मि? कर्तरि शाणच् प्रसङ्गे वदन्ति अस्मि. शत्रुप्रत्ययः, कर्त्रर्थकप्रत्ययः, सार्वधातुकप्रत्ययः, किन्तु तिङ् नास्ति, कृत् अस्ति. कर्तरि शाणच् भवति. आत्मनेपदिधातूनां प्रसङ्गे शाणच् प्रत्ययः आयाति, परस्मैपदिधातूनां प्रसङ्गे शत्रुप्रत्ययः आयाति. तत्र शत्रुप्रत्ययस्य प्रसङ्गे किञ्चित् चिन्तनं करवाम. पठत् इति प्रातिपदिकमस्ति, पठन् इति प्रथमाविभक्ति एकवचनरूपमस्ति पुंलिङ्गे, तत्र प्रातिपदिकं पठत्. तत्र कर्तरि शप् आयाति वा, आयाति चेत् कथम् आयाति, तत्र चिन्तनं कथं भवेत् इति गोमती भगिनी कृपया स्मारयतु.
हा भगिनि, पठ इति धातुः स्वादिगणधातुः अस्ति. पठयोग प्रथमं शत्रु, शत्रुप्रत्ययः, शत्रुप्रत्ययः अपि कर्तारं निर्दिशयति, अतः कर्तृप्रयोगे शत्रु भवति. यदा कर्तृप्रयोगे भवति चेत् एतत् सूत्रं कार्यं करोति, कर्तरि शप् इति. अतः पठ योग शप् योग शत्रु. तत्र शप् तत्र केवलम् अकारः अवशिष्यते, शत्रु अत्र अत् एव अवशिष्यते. ऋकारस्य इत्संज्ञा भूत्वा लोपः भवति, शकारस्य लशकृत अतिथि सूत्रेण तस्य अपि इत्संज्ञा भूत्वा लोपः भवति. पठ योग आ योग अत् भवति. पठ योग अ पठ, पठ योग अत्, पठात् इति न भवति. तत्र सवर्णदीर्घः दीर्घसन्धिं प्रभाग्य अमि
अतो गुणे,
अतो अतो गुणे, आं भगिनि, अतो गुणे अपदान्तस्य अत् ह्रस्व अकारात् परे गुणवर्णः अस्ति चेत् तत्र पूर्व पररूपं पररूपादेशः भवति. पठ इति अपदान्त, अनन्तरम् अत् अस्ति, तत्र अकारः गुणवर्ण गुणसंज्ञकवर्णः अस्ति, अतः अतो गुणे कार्यं करोति. पठत इति पठत् इति रूपं भवति.
उत्तमं. वयं किं कृतवन्तः? सार्वधातुककृदन्तविषये चिन्तनं कृतवन्तः. शत्रुप्रत्ययः सार्वधातुककृत् प्रत्ययः, शित् प्रत्ययः सार्वधातुककृत् प्रत्ययः. अस्माकं मुख्यविषयः कः? पठ् धातोः अनन्तरं शत्रुप्रत्ययः आयाति. शत्रुप्रत्ययस्य प्रसङ्गे एकं सूत्रमस्ति, लटः शत्रुषाणचौ प्रथमा समानाधिकरणे. तेन सूत्रेण शत्रुप्रत्ययः विहितः भवति. पठ् धातोः परं शत्रुप्रत्ययः अस्ति. शत्रुप्रत्ययः कीदृशः? शित्वात् सार्वधातुकसंज्ञकः, अपि च कर्त्रर्थकः. इत्युक्ते कर्त्रर्थकः प्रत्ययः सार्वधातुकसंज्ञकः प्रत्ययः. अतः कर्तरि शप् सूत्रेण शप् विकरणप्रत्ययः मध्ये आयाति. पठ् धातुना कर्त्रर्थक सार्वधातुकप्रत्ययः शत्रुप्रत्ययः दृश्यते. तदर्थं सः धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यं. पठ् धातुः भुवादिगणे अस्ति. पठ् धातुः भुवादिगणे अस्ति इति कारणतः धातु शत्रुप्रत्ययोः मध्ये कर्तरि शप् सूत्रेण शप् आयाति. यथा भगिनी उक्तवती, अन्ततो गत्वा पठत् इति प्रातिपदिकं सिद्ध्यति. तत्र सवर्णदीर्घसन्धिं प्रबाध्य अतो गुणे सूत्रेण पररूपादेशः भवति. पठयोगः अत् इति रूपमस्ति. शत्रु इत्यस्मात् अत् अवशिष्यते. शप् आयाति खलु. पठ्ययोगः अ, पठ, पठयोगः अत्. सवर्णदीर्घसन्धिं कुर्मः चेत् पठात् भवति स्म. तादृशं चिन्तनम् अशुद्धम्. अतः तत्र पठत् इति रूपम् अतो गुणे इति सूत्रेण आयाति. एवमेव षाणजन्तरूपाणां प्रसङ्गे अपि भवति. अत्र पश्यन्तु, प्रत्ययः सार्वधातुकसंज्ञकः भवेत्, कर्त्रर्थकः प्रत्ययः भवेत्, आत्मनेपदीधातूनां प्रसङ्गे प्रथमपुरुष एकवचनविवक्षायां ते इति प्रत्ययः अस्ति खलु, वन्दते. तत्रापि ते इति प्रत्ययः कर्त्रर्थकप्रत्ययः सार्वधातुकसंज्ञकप्रत्ययः. अतः वन्द धातुना ते इति कर्त्रर्थकसार्वधातुकप्रत्ययः दृश्यते इति कारणतः मध्ये गणविकरणप्रत्ययः आगन्तुं शक्नोति. वन्द् धातुः अपि भुवादिगणे अस्ति इति कारणतः शप् आयाति इति कृत्वा वन्द् योगः शप् योगः ते. अनुबन्धलोपे सति वन्दते इति लटिरूपं सिद्ध्यति. वन्दमान इति षाणजन्तरूपम् अस्ति. सुन्दरमहोदय, भवान् वक्तुमिच्छति वा तत्र किं भवति?
वन्दमान. ओके. वन्द् वन्द् योगे शप् योगे शाणच् इति भवति. शाणच् प्रत्ययस्य शकारस्य लोपः भवति लषक्व तद्धिते इति सूत्रेण. एवं चकारस्य अपि लोपः भवति हलन्त्यम् इति सूत्रेण. आन, ओके, आन आन इति रूपं रूपम् अवशिष्यते. तत्र शप् वन्द् वन्द् योगे वन्द् योगे शप् शप् इत्यस्य अकारः अवशिष्यते. वन्द् योगे अ योगे आन वन्द मान. ओके. सो मकारः कुत्र आगच्छति? वन्द
आने मुक् इति एकं सूत्रम् अस्ति. अदन्त अङ्गेषु आने मुक् इति सूत्रेण मुक् आगमः भवति. मुक् इति कथनेन मुक् कित् अस्ति खलु. मुक् इत्यत्र ककारः इति संज्ञकः अस्ति कारणतः अन्ते आयाति. आद्यन्तौ टकितौ इति सूत्रेण मुक् कित् अस्ति इति कारणतः अन्ते आयाति. तत्र मकारः तथा आगतं. वन्द् योगः आयोगः मुक् योगः आन. तत्र मुक् इत्यत्र मकारः एव अवशिष्यते.
कित् अपि अन्ते आगच्छति वा? अहं चिन्तितवान् मित् एव नुमागमः भवति इति. तादृशं न वा? मित् ओके, मित् प्रसङ्गे ओके, धातोः अन्ते ओके ओके. सोरि सोरि सोरि.
आगमाः त्रिधा भवन्ति. तित् आगमाः, कित् आगमाः, मित् आगमाः. मित् आगमाः मध्ये आयान्ति, तित् आगमाः आदौ आयान्ति, कित् आगमाः अन्ते आयान्ति. एतत् सर्वम् आद्यन्तौ टकितौ परिभाषासूत्रेण उच्यते. शाणच् प्रत्ययरूपसिद्धौ अस्माकं चिन्तनं कथं भवेत् इति प्रश्ने सति वन्द् धातुः अस्ति. वन्द् धातोः परं शाणच् प्रत्ययः अस्ति. शाणच् प्रत्ययः अपि कर्तृर्धकप्रत्ययः, सार्वधातुकसंज्ञकप्रत्ययः अस्ति. शित्वात् सार्वधातुकः, अतः वन्द् धातोः परं सार्वधातुकसंज्ञकः कर्तृर्धकप्रत्ययः शाणच् प्रत्ययः अस्ति इति कारणतः धातुना कर्तृर्धकसार्वधातुकप्रत्ययः दृश्यते, अतः मध्ये गणविकरणप्रत्ययः आगन्तुं शक्नोति. अतः धातुः कस्मिन् गणे अस्ति इति चिन्तनं करणीयं. वन्द् धातुः भुवादिगणे अस्ति इति कारणतः भुवादिगणीयविकरणप्रत्ययः शप् अस्ति. अतः कर्तरि शप् सूत्रेण शप् आयाति. धातु शाणच् प्रत्ययोः मध्ये शप् आयाति. शाणच् इत्यत्र न अवशिष्यते, शप् इत्यत्र आ अवशिष्यते. अन्ततो गत्वा मुगागमः भूत्वा वन्दमान इति रूपं सिद्ध्यति. इत्युक्ते शत्रन्तरूपं शाणजन्तरूपं साधयितुमिच्छामश्चेत् अत्र प्रत्ययः कर्त्रर्धकप्रत्ययः सार्वधातुकप्रत्ययः, किन्तु तिङ् नास्ति, तावानेव भेदः. कृत् प्रत्ययः,
तस्य स्थानम् अहं न अवगच्छामि भगिनि. तस्य स्थानं कथं निर्णेतव्यं? मुक् इत्यस्य स्थानं कुत्र आगच्छति इति कथं निर्णेतव्यं? मुख्यात् परः इति प्रथमं सूत्रमस्ति किल धातोः कृते, तादृशम् अत्र मुक् इति आगमः कुत्र भवति, स्थानं, तस्य स्थानं कुत्र भवति, किमर्थं प्रत्ययस्य आदौ, किमर्थं बीच्मे नास्ति इति.
आगमः कित् अस्ति चेत् अन्ते आयाति, टित् अस्ति चेत् आदौ आयाति. उदाहरणार्थं वदामि, टित् आगमः, टित् आगमः कुत्र आयाति? वयं कुत्र पठितवन्तः? लुङ् लङ् लृङ्क्षु अट् उदात्तः इति भूतकालरूपेषु अपठत् इति वदामः खलु. पठ इति अङ्गमस्ति तिङ् प्रत्ययस्य कृते. अट् अट् इति कथनेन ह्रस्वकारः आयाति, तत्र टकारः हलन्तिम् इत्यनेन अपगच्छति. अट् आगमः टित् अस्ति, टित् अस्ति इति कारणतः आद्यन्तौ टकितौ इति परिभाषासूत्रेण सः टित् आगमः आदौ आयाति. इत्युक्ते पठ् इति धातोः आदौ आयाति. इतोपि स्पष्टतया अवगन्तुं कोऽपि वदतु.
भगिनि अहं प्रयत्नं करोमि.
वदतु
भगिनि. सूत्रमस्ति आने मुक् इति. आने इति सप्तमी एकवचनं, मुक् इति प्रथम एकवचनं. अतः तस्य तत्तु सप्तमाध्याये अस्ति, अङ्गस्य अधिकारे अस्ति. अतः यदा आने परे अस्ति चेत् अङ्गस्य मुक् आगमः भवति इति सूत्रस्य अर्थः भवति. मुक् मुक् इति कित् अस्ति, तु आद्यन्तौ टकितौ, अङ्गात् एव, अङ्गात् परतः एव, अङ्गात् तत्र एव आगमः भवति. अतः मुक् यदा पठ पठनस्ति, वन्द वन्द अनन्तरं मुक् आगच्छति. मुक् इत्युक्ते मकारः आगच्छति, अनन्तरम् आन मान इति.
अङ्गस्य परम् आगच्छति वा?
शाणच् प्रत्यये आन इति प्रत्ययस्य अवशिष्टभागः अस्ति खलु. प्रत्ययस्य अवशिष्टभागः आन अस्ति. आन इति प्रत्ययात् पूर्वं यावान् भागः अस्ति तद् अङ्गम् इति वदामः. तत्र अङ्गं किं भवति? वन्द् योगः अकारः अस्ति. अकारः कुतः आगतः? अकारः शप् इत्यस्मात् आगतः. तत्र वन्द् धातुः अस्ति. वन्द् धातोः अनन्तरं शप् इत्यस्मात् अकारः आगतः, तेन वन्द इति अङ्गं भवति. कस्य कृते? शाणच् प्रत्ययस्य कृते. अङ्गस्य अन्ते आयाति, आगमः कित् अस्ति इति कारणतः.
अस्तु भगिनि.
रोहिणी भगिनी वदतु.
अत्र आगमः प्रत्ययस्य अवयवरूपेण न आगच्छति, धातोः अवयवरूपेण आगच्छति इति कारणतः धातोः परम् आगच्छति इति चिन्तयामि.
अङ्गस्य परं
गोमती भगिनी उक्तवती, अङ्गाधिकारः अस्ति इति विषयः. अङ्गाधिकारः अस्ति इति प्रश्ने सति तत्र प्रत्ययात् पूर्वं यदस्ति तदेव प्रत्ययस्य कृते अङ्गं भवति. प्रत्ययस्य कृते वन्द इति अङ्गं भवति. तदर्थं वन्द इति अङ्गात् अन्ते आयाति इत्युक्ते वन्दयोगः मकारः अस्ति पश्चात् आना अस्ति वर्णमेलनेन वन्दमान इति भाति इदानीं नरेश महोदय भवान् वदतु लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु एतादृशं चिन्तनमेव करणीयं पठतु इति रूपम् अस्ति लोटि तत्र कर्तृशप् कथम् आयाति
प्रथमा तु लट् लकार आयाति लट् धातु लट् मध्ये शप् आयाति
लोटि प्रसङ्गे वदतु पठतु
पठतु पठतु तत्र तु किम् अस्ति लोटि तु अस्ति तत्र पठ पठ तु मध्ये शप् आयाति शप् शकारस्य पकारस्य यत् संज्ञा भवति पठ योग अ योग तु पठतु भवति
उत्तमम् तत्रापि चिन्तनम् एवमेव भवनीयं कथम् इत्युक्ते पठ् धातुः अस्ति अपि च तु इति प्रत्ययः अस्ति तु इति प्रत्ययः सिद्धप्रत्ययः तु इति प्रत्ययः धातुं द्रष्टुं शक्नोति अथवा धातुना तु इति प्रत्ययः दृश्यते मध्ये कोऽपि अन्यप्रत्ययः नास्ति अपि च तु इति प्रत्ययः कर्त्रर्थकप्रत्ययः भवान् पठतु इति वदामः भवान् पठतु इति कथनेन अत्र वाक्यं कर्तरीप्रयोगे अस्ति तु प्रत्ययः कर्त्रर्थकप्रत्ययः अपि च सार्वधातुकप्रत्ययः अस्ति इति कारणतः गणविकरणप्रत्ययः आयाति अपि च सः धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यं भुवादिगणे अस्ति इति कारणतः शप् आयाति कर्तरिषप् सूत्रेण कर्तरिषप् इत्यस्मिन् सूत्रे निकषाद्वयम् उक्तम् अस्ति धातुना यः प्रत्ययः दृश्यते सः प्रत्ययः सार्वधातुकः भवेत् कर्त्रर्थकः भवेत् तस्यां दशायाम् एव तस्मिन् लकारे एव गणविकरणप्रत्ययः आगन्तुं शक्नोति तदानीम् एव सः धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यं भवति पठेत् इति विधिलिङ्गलकारप्रसङ्गे अपि एतादृशं चिन्तनम् अपठत् इत्यत्रापि एतादृशं चिन्तनमेव करणीयं किन्तु पठ्येते इति रूपम् अस्ति पठ्येते इत्यत्र चिन्तनं कथं भवेत् वदतु
कर्मणि प्रयोगे अस्ति पठ्यते कर्मणि प्रयोगे कर्तरिषप् तस्य प्रसक्तिः नास्ति पठ् अपि च आत्मनेपदी पठ् योग अयोग ते अस्ति परन्तु अत्र कर्मणि प्रयोगे यकार आयाति पठ्यते भवति
साधु महोदय तदेव पठ्यते पठ्यते दृश्यते क्रियते गम्यते इत्यादिषु कर्मणि रूपेषु तत्र कार्यं किं भवति पठ् धातुना तिङ् प्रत्ययः साक्षात् न दृश्यते यक् इति मध्ये प्रत्ययः आयाति सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः आयाति इति कृत्वा यक् इत्यत्रापि ककारः इति संज्ञकः या एव शिष्यते पठ् योगः या योगः ते इति रूपम् अस्ति तत्र ते इति प्रत्ययः अस्ति ते इति प्रत्ययः आत्मनेपदि प्रत्ययः भावे प्रयोगे अपि च कर्मणि प्रयोगे भावकर्मणोः इति सूत्रेण आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति किन्तु तत्र वार्ता का आत्मनेपदसंज्ञकप्रत्ययः एव किन्तु कर्तरर्थकः नास्ति कर्मार्थकप्रत्ययः इति कृत्वा कर्तरि शप् सूत्रेण शप् न आयाति अतः तत्र रूपं पश्यन्तु पठ् योगः यक् इत्यस्मात् या आयाति ते इति आत्मनेपदप्रत्ययाः विधीयन्ते तत्र विशिष्टसूत्रेण भावकर्मणोः सूत्रेण आत्मनेपदसंज्ञकप्रत्ययाः एव आयान्ति कर्मणि प्रयोगे तदर्थमेव पठ्यते गम्यते दृश्यते भूयते क्रियते इत्यादीनि रूपाणि भवन्ति तत्र कर्तरिषप् सूत्रं कार्यं न करोति सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः विहितः भवति कर्मणि प्रयोगे. अस्मात् सूत्रात् एव सार्वधातुके इति पदम् अस्मिन् सूत्रे अनुवृत्तं भवति. कर्तरि शप् इति सूत्रस्य अनुवृत्तिसहितसूत्रं पश्यन्तु. तत्र सार्वधातुके इति पदं पूर्वसूत्रात् आगतम्. पूर्वसूत्रात् इत्युक्ते सार्वधातुके यक् इति सूत्रात् सार्वधातुके इति पदम् अस्मिन् सूत्रे अनुवृत्तिरूपेण आगतम्. नरेश महोदय अग्रे पठतु.
अत्र भू योग लट् भू लकार अस्ति. तत्र लकारस्य स्थाने तिप् आयाति. भू योग तिप् तिप् कर्त्रार्थकः सार्वधातुकप्रत्ययः च अतः कर्तरि शप् इत्यनेन शप् भूयोगशप् योगतिप्. अत्र उदाहरणम् अस्ति. प्रथमं तु भूधातुः अस्ति. लट्लकारे टकारस्य तत्र इति संज्ञा भवति. भू लट् स्थाने लकार आयाति. लकारस्य स्थाने तिप् तिप् अस्ति. अत्र तत्तु कर्तरर्थकः अस्ति अपि च सार्वधातुकप्रत्ययः अस्ति. अतः कर्तरि शप् सूत्रस्य प्रसक्तिः अस्ति. अतः भू योगशप् योगतिप् अत्र शप् कारणेन गुणकार्यं भवति. भू भो भवति. अपि च अकार शकारस्य पकारस्य यत्संज्ञा भूत्वा भो योग अयोगति अस्ति. भवति भवति.
उत्तमम्. अत्र अङ्गकार्यमस्ति सन्धिकार्यमस्ति. शप्रत्ययं निमित्तीकृत्य भू इति धातुरूपी अङ्गमस्ति. तिप्रत्ययं निमित्तीकृत्य भव इति अङ्गं भवति. भो योगः अ इत्यत्र सन्धिकार्यं भवति. सन्धिकार्यार्थं प्रत्ययः अनावश्यकः. किन्तु अङ्गकार्यं भवितुं प्रत्ययः आवश्यकः. अत्र शप्रत्ययं निमित्तीकृत्य भू इति धातुरूपी अङ्गे धातुः इगन्तधातुः अस्ति इति कारणतः धातुरूपी अङ्गे सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा भो भवति. अग्रे पठतु.
अस्मिन् क्रमे तिप् इति सार्वधातुकप्रत्ययः साक्षात् दृश्यते धातोः पुरतः. अतः कर्तरि शप् इत्यस्य अवसरः अस्ति. चतुर्षु लकारेषु एतादृशी स्थितिः अस्ति. लटि लोटि लङि विधिलिङ्गि च एतादृशी स्थितिः नामका. धातुना सार्वधातुकप्रत्ययः साक्षात् दृश्यते यथा भू योगतिप् भू तिप् इत्यनयोः मध्ये किमपि व्यवधानं नास्ति. अतः तिप् साक्षात् दृश्यते. अत्र वदति क्रमः अस्ति. तिप् धातोः तत्र साक्षात् दृश्यते. धातोः अस्ति अपि च तिप् अस्ति. तत्र प्रत्ययः अस्ति सार्वधातुकप्रत्ययः. तत् धातोः साक्षात् दृश्यते. अतः अवसरः अस्ति. तत् भवति चतुर्षु लकारेषु. लट्लकार लोट्लकार लङ्लकार अपि च विधिलिङ्ग्लकार अस्ति चेत् तत् तत् भवति. प्रत्ययः धातोः साक्षात् दृश्यते. तत् तस्य मध्ये धातोः अपि च तेप् मध्ये कोऽपि व्यवधानं नास्ति, तत्र साक्षात् दृश्यते। अतः कर्तरि शप् अस्ति चेत् पुनः शप् मध्ये आयाति।
भवति इति पदस्य प्रसङ्गे उक्तमस्ति, भवतु इत्यत्रापि तादृशी स्थितिः एव, अभवत् इत्यत्रापि तादृशी स्थितिः एव, भवेत् तत्रापि एतादृशं चिन्तनमेव करणीयम्। इत्युक्ते भू धातुः अस्ति, धातोः परं कर्त्रर्थकसार्वधातुकप्रत्ययः अस्ति, भवतु इत्यत्रापि तु इति प्रत्ययः अस्ति, सिद्धतिङ् प्रत्ययः अस्ति, प्रत्ययः सार्वधातुकसंज्ञकप्रत्ययः अस्ति, कर्त्रर्थकप्रत्ययः अस्ति, अपि च धातुना साक्षात् दृश्यते इत्यतः मध्ये कर्तृषप् इत्यस्य अवसरः अस्ति। इतोपि अन्यविषयः अस्ति, सार्वधातुकलकारेषु धातुना कर्त्रर्थकसार्वधातुकप्रत्ययः साक्षात् दृश्यते, मध्ये किमपि व्यवधानं नास्ति, मध्ये अन्यः कोऽपि प्रत्ययः नास्ति इति उक्तमस्ति। अर्धधातुकलकारेषु किं भवति इति प्रश्ने सति, उदाहरणार्थं लृट् लकारे धातुना तिङ्प्रत्ययः न दृश्यते, आदौ एव स्यतासीलृलुटोः सूत्रेण स्या इति लकारनिमित्तकप्रत्ययः प्रथमसोपाने एव आयाति। स्यतासीलृलुटोः इति सूत्रं तत्र अस्ति, अतः स्यतासीलृलुटोः सूत्रेण आदौ एव स्या प्रत्ययः आयाति। किन्तु तादृशं कार्यं भवितुम् अत्र किमपि सूत्रं नास्ति इत्यतः धातुना तिङ्प्रत्ययः साक्षात् दृश्यते, अतः मध्ये गणविकरणप्रत्ययः आगन्तुं शक्नोति, अथवा कर्तरि शप् इति सूत्रस्य अवसरः अत्र अस्ति। स्यतासीलृलुटोः इति सूत्रम् इव अन्यत् सूत्रम् अत्र नास्ति, सार्वधातुकलकारेषु नास्ति। लृट्लकारप्रसङ्गे सितासीलृलुटोः इति सूत्रेण स्या प्रत्ययः न केवलं लृट्लकारे, लृङ्लकारे अपि आयाति, लुट्लकारे तास् प्रत्ययः आयाति। इत्युक्ते अर्धधातुकलकारेषु विशिष्टसूत्रेण लकारनिमित्तिकविकरणप्रत्ययः आदौ आयाति, तादृशी स्थितिः अत्र नास्ति अथवा तादृशं सूत्रम् अत्र नास्ति इति कृत्वा मध्ये कर्तरि शप् इत्यस्य अवसरः अस्ति इति कृत्वा अत्र शपायाति इति वार्ता। साधु महोदय। सत्यभामा भगिनी भवती पठतु।
ध्येयं यत् येषु चतुर्षु येषु सर्वेषु चतुर्षु सार्वधातुकलकारेषु धातुगणम् अनुसृत्य शपं प्रपाद्य अन्ये धातुगणनिमित्तिकविकरणप्रत्ययाः विधीयन्ते, यदा शन् श्नु इत्यादयः। प्रथमं शप् आयाति, तदा भुवादि अदादि जुहोत्यादि चुरादि इत्येतान् गणान् विहाय अपरेषु षट्सु गणेषु शपं प्रपाद्य तद्गण तत्तद्गणस्य विकरणप्रत्ययः आयाति। एतादृशं सर्वधातुकलकारेषु कस्यापि धातोः तिगन्तरूपस्य निर्माणात् प्राक् स च धातुः कस्मिन् गणे अस्ति इति अवश्यं ज्ञातव्यम्। अत्र एषु चतुर्षु सर्वधातुकलकारेषु धातुगणम् अनुसृत्य शपं प्रपाद्य अन्ये गणनिमित्तिकविकरणप्रत्ययाः विधीयन्ते। इदानीम् एतेषु चतुर्षु लकारेषु इत्युक्ते लट् लोट् लिङ् वितर्लिङ् एतेषु शपं प्रपाद्य प्रथमं कर्तरि शप् इत्यनेन शप् प्रत्ययः विधीयते, तदनन्तरं अधिप्रभृतिभ्यः शपः इत्यनेन आदादिगणे जुहोत्यादिगणे लुक् भवति, अन्येषु लकारेषु गणमनुसृत्य विकरणप्रत्ययः आगच्छति, परन्तु चुरादिगणे अपि शप् एव आगच्छति। अन्येषु षट्सु गणेषु शपं प्रपाद्य तत्तत् गणस्य विकरणप्रत्ययः आगच्छति। इदानीं शन् श्नु शा स्नम् एतेभ्यः अत्र आगच्छति। एतदर्थं सर्वधातुकलकारेषु कस्यापि धातोः तदर्थं तिङन्तरूपसाधनवेलायां प्रथमं धातु कस्मिन् गणे इति अवश्यं ज्ञातव्यम् इति अत्र उक्तमस्ति.
लट् लोट् लङ् विधि लिङ् एतेषां रूपाणां निर्माणावसरे धातुः कस्मिन् गणे अस्ति इति दृष्ट्वा प्रक्रिया आरम्भणीया. इतोपि अत्र किं ज्ञातव्यं, कर्तरि शप् इति सूत्रं सामान्यसूत्रं, डिफाल्ट् सूत्रम् अथवा उत्सर्गसूत्रं. कर्तरि शप् इति सूत्रं प्रत्येकस्मिन् गणे आदौ आयाति इत्युक्ते सर्वत्र तस्य प्रसक्तिः अस्ति, किन्तु प्राप्तिः अस्ति वा इति अन्या वार्ता. सर्वत्र तस्य प्रसक्तिः अस्ति, कर्तरि शप् इति सूत्रस्य प्रसक्तिः सर्वेषु गणेषु अस्ति. उदाहरणं स्वीकृत्य वदामि. तुदादिगणे लिख् इति धातुः अस्ति, लिख् धातुतः लिखति इति लटीरूपम् आयाति. तुदादिगणे आदौ शप् विकरणप्रत्ययस्य प्रसङ्गः अस्ति, कर्तरि शप् सूत्रेण शप् विकरणप्रत्ययस्य प्रसक्तिः अस्ति, इत्युक्ते प्राप्तिः अस्ति इति अर्थः नास्ति. धातुः तुदादिगणे अस्ति इति कारणतः तस्मिन् गणे गणविकरणप्रत्ययः कः इति द्रष्टव्यम्. तत्र तुदादिभ्यः शः इति एकं विशिष्टं सूत्रमस्ति. तुदादिभ्यः शः इति सूत्रेण शपं प्रबाध्य श इति विकरणप्रत्ययः तत्र आयाति. इत्युक्ते शप् प्रत्ययस्य स्थाने श प्रत्ययः आयाति इति अर्थः नास्ति. कर्तरि शप् अपि च तुदादिभ्यः शः इति सूत्रद्वयं तत्र आगत्य उपविशति. इत्युक्ते तत्र आगत्य कार्यं कर्तुं सूत्रद्वयम् उद्युक्तं भवति. तत्र द्वयोः सूत्रयोः मध्ये सङ्घर्षः भवति, युद्धं भवति. इत्युक्ते कर्तरि शप् इति सूत्रस्य कृते निमित्तं किं, कर्तृर्धकसार्वधातुकप्रत्ययः अस्ति चेत् कर्तरि शप् आगन्तुं शक्नोति, अतः कर्तरि शप् आयाति. किन्तु धातुः तुदादिगणे अस्ति इति कारणतः तुदादिभ्यः शः तत्सूत्रमपि तत्र आगत्य उपविशति. द्वयोः सूत्रयोः मध्ये सङ्घर्षः भवति. तदानीं चिन्तनं कथं भवेत्? बलाबलचिन्तनं करणीयं. कर्तरि शप् इति सामान्यसूत्रम् अथवा डिफाल्ट् सूत्रम् औत्सर्गिकरूपेण आयाति, किन्तु तुदादिभ्यः शः इति विशेषसूत्रम् अथवा अपवादसूत्रम्. इत्युक्ते तुदादिभ्यः शः इति सूत्रम् अपवादसूत्रम् इत्युक्ते तस्य सूत्रस्य कार्यं तुदादिगणीयधातुषु न भवति चेत् अन्यत्र कुत्रापि तस्य कार्यं भवितुं न शक्नोति. तुदादिभ्यः शः इति सूत्रेण शाप्रत्ययस्य कार्यं तुदादिगणीयधातुषु न भवति चेत् अन्यत्र तस्य लब्धावकाशः नास्ति, कार्यं कर्तुम् अन्यत्र लब्धावकाशः नास्ति. अन्यत्र लब्धावकाशः नास्ति इति कारणतः तुदादिभ्यः शः इति सूत्रम् अपवादबलेन अपवादरूपेण अत्र कार्यं करोति. तुदादिभ्यः शः इति सूत्रम् अपवादसूत्रम्, अपवादबलेन शा प्रत्ययः आयाति. तत्र इतोपि चिन्तनं किम् इत्युक्ते, निरवकाशत्वम् एव अपवादस्य बलं भवति. निरवकाशत्वम् इत्युक्ते तुदादिभ्यः शः इति सूत्रं तत्र कार्यं न करोति चेत् अन्यत्र तस्य कृते कार्यं कर्तुम् अवकाशः नास्ति. निरवकाशत्वम् एव अपवादस्य बलं. तत्र एकं सूत्रमस्ति, पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः. उत्तरोत्तरं बलीयः इत्युक्ते अपवादसूत्रमस्ति चेत् तत् सूत्रं बलीयः भवति. एवमेव अन्येषु गणेषु अपि तत्तत् गणस्य विकरणप्रत्ययाः आयान्ति, शपं प्रबाध्य आयान्ति. शपः स्थाने आयान्ति इति अर्थः नास्ति. अपवादसूत्रेण दिवादिगणे श्यनायति, स्वादिगणे श्नु आयति, रुधादिगणे श्नम् आयति, क्रयादिगणे श्ना आयति, किन्तु अदादिगणे जुहोत्यादिगणे चुरादिगणे भिन्नकार्यं भवति. इत्युक्ते अदिप्रभृतिभ्यः शपः सूत्रेण शपः लुक् भवति. अदादिगणे जुहोत्यादिगणे शपः श्लू भवति, लुक् भिन्नं श्लू भिन्नं. लुक् इत्यनेन भिन्नकार्यं भवति, श्लू इति कथनेन द्वित्वकार्यं भवति. अग्रे सरेम, कानिचन उदाहरणानि दत्तानि अत्र. सुजाता भगिनी पठतु.
यदा भवादिगणे पायुगः लट् पायुगः ला पायुगः तिप् कर्तरीश पायति इच्छनेन शप् पायुगः शप् योगः तिप् क्षितिपरे पाधातोः पिब् आदेशः भवति पिब् युगः आयुगः तिपिबति भवादिगणे पाधातुः अस्ति लट् स्थाने लस्य इच्छनेन तिप्रत्ययः सार्वधातुकप्रत्ययः तिप् आयाति कर्तरी शप् इत्यनेन पायोगः शप् शप् आयाति शप् सार्वधा तिप् धातुः सार्वधातुकप्रत्ययः मध्ये शप् आयाति क्षितिपरे क्षितिपरे शप् सकारः इत्संज्ञा भवति इच्छनेन क्षितिपरे पिब् आदेशः भवति पा पिब् भवति पायोगः आयोगः ति पिब् आदेशः भवति इच्छनेन पिबति निष्पद्यते
अधोभागे नक्षत्रचिह्नम् अस्ति तत्र इतोपि किञ्चित् लिखितमस्ति पठतु
अत्र बकारे अकारः अस्ति दण्डः नास्ति अथोगुणे इत्यनेन अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पूर्वरूपमेकादेशः एकादेशः भवादिगणस्य पाठे द्रक्ष्यामः बकार पिब् इत्यस्य बकारः आकारः अपि अस्ति इत्यनेन अतोगुणे सूत्रेण अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकमेव आदेशः भवति आ एव भवति एवमेव भगिनि
अस्माकं विषयः तु कर्तरिषप् खलु विवक्षानुगुणं पाधातुं स्वीकुर्मः अस्माकं विवक्षा अस्ति वर्तमानकालविवक्षा अस्ति अतः वर्तमाने लट् इति सूत्रेण लट् इति लकारप्रत्ययः आयाति पायोगः लट् इत्यत्र लट् इत्यस्य अवशिष्टभागः अनुबन्धलोपे सति ल इत्युक्ते केवलं लकारः एव तत्र शिष्यते लकारस्य स्थाने लस्य सूत्रेण तिबादयः आयान्ति किमर्थं चेत् प्रथमपुरुष एकवचनविवक्षा अस्ति इत्युक्ते प्रथमपुरुष एकवचनरूपं वयं निर्मातुम् इच्छामः पाधातुतः तिप्रत्ययः कर्त्रर्थकः अपि च सार्वधातुकसंज्ञकः किमर्थं चेत् तिंशत् सार्वधातुकं सूत्रेण तिप्रत्ययः सार्वधातुकसंज्ञकः अतः तिप्रत्ययः कर्त्रर्थकः सार्वधातुकः अतः सः प्रत्ययः धातुना दृश्यते अतः कर्तरि शप् सूत्रेण मध्ये शप् विकरणप्रत्ययः आयाति अतः पायोगः शप् योगः तिप् इति स्थितिः अस्ति किन्तु अत्र इतोपि विशिष्टं कार्यम् अस्ति क्षितिपरे इत्युक्ते शप् विकरणप्रत्ययः षित् प्रत्ययः खलु अतः क्षितिपरे पाधातोः प्रसङ्गे एकेन विशिष्टसूत्रेण पाघ्राध्मा इति एकं दीर्घं सूत्रमस्ति तत्र पास्थाने पिब घ्रास्थाने जिघ्र धमास्थाने धामा एतादृश आदेशाः भवन्ति तदर्थमेव तत् सूत्रं बहु दीर्घम् अस्ति तस्मिन् सूत्रे धातवः दत्ताः अपि च धात्वादेशाः अपि दत्ताः तदर्थमेव सूत्रं बहु दीर्घं दृश्यते पाधातोः प्रसङ्गे षित् प्रत्यये परे पिब आदेशः भवति तत्र किं वदामः पिब इति वक्तव्यं न तु पिब् पिब एव आदेशः भवति तदर्थमेव अत्र नक्षत्रचिह्नं दत्त्वा लिखितमस्ति पिब इति कथनेन बकारात् परम् अकारः अस्ति, तत्र दण्डः नास्ति इति अर्थः. पूर्वं गोमती भगिनी उक्तवती पिब योगः आयोगः ति इति स्थितिः अस्ति चेत् वदतु किं भवति स्म?
अतो गुणे इत्यनेन पररूप एकादेशः भवति.
उत्तमम्. अत्र पिब योगः आ इति कथनेन तत्र अकार अकारयोः मध्ये सन्धिकार्यं सवर्णदीर्घसन्धिः भवति स्म. तत्र सवर्णदीर्घसन्धिं प्रबाध्य अतो गुणे इति सूत्रेण पररूपादेशः भवति. अतो गुणे सूत्रेण किमुच्यते? अत्र अपदान्त अतः, अपदान्त अतः. पिब इत्यत्र पदसंज्ञा नास्ति. पदसंज्ञा कदा आयाति? तस्मात् परं तिङ् प्रत्ययः अस्ति चेदेव पदसंज्ञा आयाति. तत्र पिब इत्यत्र पदसंज्ञा नास्ति, अतः तत्र अपदान्त अतः. अतः इत्युक्ते ह्रस्वाकारः अस्ति, अपदान्तह्रस्वाकारः अस्ति. निमित्तं किं? गुणे परे इति लिखितमस्ति. गुणे परे इत्युक्ते गुणसंज्ञकवर्णाः के इति चिन्तनीयम्. गुणसंज्ञकवर्णाः के इति केन सूत्रेण उच्यते? अदेङ्गुणः इति एकं सूत्रमस्ति. अकारः एकारः ओकारः एते त्रयः वर्णाः गुणसंज्ञकवर्णाः. अदेङ्गुणः इति सूत्रेण, संज्ञासूत्रेण तदेव उच्यते. अत्र अपदान्त ह्रस्वकारात् परम् अकारः अस्ति, अकारः गुणसंज्ञकवर्णः. अत्र निमित्तानि पूरितानि, अतः अतो गुणे इति सूत्रेण पूर्वपरयोः स्थाने पररूपम् एकादेशः भवति अतो गुणे इति सूत्रेण. अग्रे अपि पठतु
भगिनी. एकः प्रश्नः अस्ति, अत्र बकारे अकारः अस्ति, दण्डः नास्ति, तत् किमस्ति? दण्डः नास्ति.
अग्रे पश्यतु, द्वित्वं द्वित्वम् इति कथनेन तत्र मकारे दण्डः अस्ति. दण्डः इत्युक्ते स्ट्रोक्.
आकार
पिब इत्यत्र दण्डः नास्ति, अकारः अस्ति. तदर्थम् उच्चारणं कथं भवेत्? पिब इति भवति, न तु पिब.
अस्तु, तत् दण्डः. अस्तु अस्तु.
लक्षणम् इति वदामश्चेत् अथवा द्वित्वम् इति वदामश्चेत् किम् इति वदामश्चेत् तत्र मकारे दण्डः अस्ति.
दण्डः अस्ति. अस्तु, अवगतं. धन्यवादः.
सुजाता भगिनी पठतु.
भगिनी, मम एकः सन्देहः अस्ति, ज्ञाधातुः जानाति कथं भवति?
तत्र एकं सूत्रमस्ति, ज्ञाजनोर्जा. ज्ञास्थाने जा आदेशः भवति. ज्ञाजनोर्जा इति सूत्रेण ज्ञाधातोः प्रसङ्गे जनि प्रादुर्भावे धातोः प्रसङ्गे एकमेव सूत्रं कार्यं करोति इति कृत्वा जन् धातोः रूपं जायते, ज्ञाधातोः रूपं जानाति. तत्र विशिष्टं सूत्रम् आवश्यकम्.
तथैव बन्धधातुः बध्नाति भवति, न किमर्थं न आगच्छति? बध्नाति इति भवति खलु,
किमर्थं नकारलोपः भवति? तत्र धातुः बन्ध अस्ति, क्रियादिगणे अस्ति. क्रियादिगणे अस्ति इति कारणतः तत्र श्न क्रियादिभ्यः श्न इति श्नाविकरणप्रत्ययः आयाति. श्नाविकरणप्रत्ययस्य स्वभावः कीदृशः? श्नाप्रत्ययः शितेव, किन्तु पित्वं नास्ति. प्रत्ययः पित् नास्ति इति कारणतः अपित्वात् गुणनिषेधः भवति इति एका वार्ता. अपित्वात् त्रीणि विशिष्टकार्याणि भवन्ति. सम्प्रसारणी धातुः अस्ति चेत् सम्प्रसारणकार्यं भवति. तत्र इगन्तधातुः युगपदधातुः अस्ति चेत् गुणकार्यस्य निषेधः भवति क्लिति च सूत्रेण. अपि च तृतीयं कार्यमस्ति अनिदितां हलौपधाय क्निति इति सूत्रेण. अनिदित् धातुषु बन्धधातुः इदित् नास्ति. अनिदित् धातुः इत्युक्ते उपदेशावस्थायाम् एव नकारः अस्ति. इदित् धातुः अस्ति चेत् नकारः अनन्तरम् आगच्छति. इदितोनं धातोः सूत्रेण आयाति. उपदेशावस्थायाम् एव बन्धधातोः नकारः अस्ति. तादृश अनिदित् धातोः परम् अपित् प्रत्ययः अस्ति चेत् अनिदितां हल उपधायाक्निति इति सूत्रेण नकारलोपः भवति. अतः बन्ध इत्यस्य रूपं बद्ध भवति. श्नाविकरणप्रत्ययात् न आगतः, तिङ्प्रत्ययात् ति आगतः. बध्नाति, नकारलोपः अनिदितां हल उपधायाक्निति इति सूत्रेण भवति. तत्र निमित्तं किम् इत्युक्ते श्ना इति प्रत्ययः अपित् प्रत्ययः. जुहोत्यादिगणे किं भवति? सुजाता भगिनी पठतु.
जुहोत्यादिगणे दायोगः लट्, दायोगः ला, दायोगः टिप्, कर्तरि शप् इत्यनेन शपायाति. जुहोत्यादिभ्यः स्नु इत्यनेन विहितस्य शप् प्रत्ययस्य स्लु लोपः भवति. स्लौ इत्यनेन स्लौ परे धातोः दित्वं ददाति भवति. जुहोच्चादिगणे धा धातुः अस्ति. वर्तमाने लट् इत्यनेन लट् स्थाने ला एव अवशिष्यते. दायोगः ला, कर्तरि तिप्पायाति. कर्तरि शत्रार्थक सार्वधातुकप्रत्ययः कर्तरि शप् इत्यनेन तिप् सार्वधातुकप्रत्ययः अस्ति. इत्यनेन शप् शप् विधीयते. जुहोत्यादिभ्यः स्लु इत्यनेन विहितस्य शप् प्रत्ययः स्लु लोपः भवति. स्लौ इत्यनेन दित्वं भवति. शप् प्रत्ययः न आयाति. धायोगः ला, लस्य इत्यनेन तिप् आयाति. तिपादयः विहितः भवति. जुहोत्यादिभ्यः स्लु इत्यनेन शप् न आयाति, लुक् भवति. स्लौ इत्यनेन दित्वं भवति. ददाति.
उत्तमम्. अत्रापि तिप्रत्ययः कर्तरर्धकसार्वधातुकप्रत्ययः अस्ति इति कारणतः कर्तरि शप् सूत्रेण शप आयाति. कर्तरि शप् इति सूत्रेण शपः विधानं सर्वत्र भवति. भवति इत्युक्ते भवितुं तत्र आनुकूल्यम् अस्ति. किन्तु धातुः जुहोत्यादिगणे अस्ति इति कारणतः जुहोत्यादिभ्यः श्लुः इति अपवादसूत्रेण यथा अहं पूर्वम् उक्तवती तथा एव अत्रापि चिन्तनं करणीयम्. जुहोत्यादिभ्यः श्लुः इति सूत्रेण जुहोत्यादिगणीयधातुषु अनेन सूत्रेण कार्यं न भवति चेत् तस्य कृते अन्यत्र लब्धावकाशः नास्ति. कर्तरि शप् इति सामान्यसूत्रमस्ति इत्युक्ते सर्वत्र तस्य प्रसङ्गः अस्ति. किन्तु जुहोत्यादिभ्यः श्लुः इति सूत्रेण जुहोत्यादिगणीयधातुषु तस्य कार्यं न भवति चेत् अन्यत्र तस्य कृते कार्यं भवितुम् अवकाशः नास्ति इति कारणतः अपवादबलेन अपवादसूत्रेण जुहोत्यादिगणे शपः श्लू भवति. शपः श्लू भवति. शप्रत्ययस्य लुक् भवति अदादिगणे. शप्रत्ययस्य श्लू भवति जुहोत्यादिगणे. किञ्चित् चिन्तनमस्ति. अदर्शनं लोपः इति एकं सूत्रमस्ति. इत्युक्ते लोपप्रकरणम् अस्ति तत्र. अदर्शनं लोपः इति एकं सूत्रमस्ति. प्रत्ययलोपे प्रत्ययलक्षणम् इति एकं सूत्रमस्ति. प्रत्ययलोपे प्रत्ययलक्षणं. प्रत्ययलोपः भवति चेदपि तत्र प्रत्ययस्य लक्षणं तिष्ठति. तत् सामान्यसूत्रमस्ति. किन्तु जुहोत्यादिगणे अदादिगणे किं भवति इत्युक्ते प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं प्रबाध्य नालुमताङ्गस्य इति सूत्रेण तत्र कार्यं भवति. नालुमताङ्गस्य इति सूत्रेण प्रत्ययाश्रितं कार्यम् इत्युक्ते शपः लुक् भवति, शपः श्लू भवति भवति. किन्तु तस्य अनन्तरं प्रत्ययाश्रितं कार्यं न भवति. नालुमताङ्गस्य इति एकं सूत्रमस्ति. तेन सूत्रेण प्रत्ययलोपे सति प्रत्ययलक्षणं तत्र न तिष्ठति अथवा प्रत्ययाश्रितं कार्यं न भवति. किमर्थं चेत् जुहोत्यादिगणे लुमताशब्देन आदर्शनम् इति कार्यं भवति. एकम् अन्यत् संज्ञासूत्रम् अपि अस्ति. प्रत्ययस्य लुक् श्लू लुपः. प्रत्ययस्य लुक् श्लू लुपः इत्युक्ते लुक् श्लू लुप् एताभिः संज्ञाभिः आदर्शनमुच्यते. प्रत्ययस्य आदर्शनमुच्यते. अत्र जुहोत्यादिगणे श्लू इत्यनेन प्रत्ययस्य अदर्शनं भवति, शप् प्रत्ययस्य अदर्शनं भवति इति कृत्वा शपं निमित्तिकम् अङ्गकार्यं धात्वङ्गे न भवति. जुहोत्यादिगणीयधातुषु शपं निमित्तीकृत्य यदङ्गकार्यमस्ति तदङ्गकार्यं न भवति. किमर्थं चेत् न लुमताङ्गस्य इति सूत्रेण तत्र कार्यं भवति. अपि च श्लौ इति एकं सूत्रमस्ति. श्लौ इति पदं पश्यामश्चेत् श्लू इति उकारान्तपदं खलु, श्लू इति उकारान्तपदस्य सप्तमीविभक्तिरूपं श्लौ अस्ति. इत्युक्ते श्लौ इति सूत्रेण द्वित्वकार्यमपि भवति जुहोत्यादिगणे, अन्यानि कार्याणि अपि सन्ति. अहत्यवार्ता का? जुहोत्यादिभ्यः श्लुः इति अपवादसूत्रम्. अपवादबलेन कर्तरी शप् सूत्रं प्रबाध्य जुहोत्यादिभ्यः श्लु सूत्रेण कार्यं भवति जुहोत्यादिगणे इति वार्ता अस्ति. अग्रे वीणा भगिनी भवती पठतु.
धन्यवादः भगिनि.
धन्यवादाः.
अत्र गुणः भवति भगिनि, श्नु इति विकरणप्रत्ययः अस्ति अत्र स्वादिगणे. कुत्रचित् नो अपि भवति, गुणः भूत्वा नो भवति. उदाहरणार्थम् आप् धातुः अस्ति, अत्र श्नु इति विकरणप्रत्यये आप्नोति इति भवति. एतत् वदामि वा पठामि वा भगिनि?
पठतु.
आप् स्वादिगणे आप् योगे लट्, आप् योगे ल इति भवति. आप् योगे तिप् कर्तरी शप् इत्यनेन शप् स्वादिभ्यः श्नुः इत्यनेन स्वादिगणे स्थितेभ्यः धातुभ्यः शपं प्रभाद्य श्नु प्रत्ययः भवति. कर्तर्थक सार्वधातुक प्रत्यये परे आप् योगे श्नु योगे तिप् आप्नोति इति भवति. अत्र नु अस्ति तिप् कारणात् अत्र गुणः भवति, न तु विकरणप्रत्ययस्य कृते अत्र आप् अत्र किमपि न भवति. तिप् परे अस्ति अतः अत्र आप्नोति इति रूपं भवति. स्वादिगणे कर्तरी शप् अस्ति इत्यनेन श्नु आगच्छति, परन्तु अपित् अस्ति श्नु इति शकारः लोपः भवति, केवलं नु इति अवशिष्यते. आप् योग नु योग ति तिप् अत्र पकारस्य लोपः भवति, केवलं ति अत्र अवशिष्यते. आप्नोति इति अन्तिमरूपं निष्पद्यते.
भगिनी अत्र अङ्गकार्यं भवति किल
आप् धातोः प्रसङ्गे? इतोपि किं भवति? आप् योगः श्नु इति स्थितिः अस्ति. श्नु इत्यस्य शकारः इति संज्ञकः नु तत्र अवशिष्यते. आप्नु इति अङ्गं भवति तिङ् प्रत्ययस्य कृते. तिप् प्रत्ययस्य कृते आप्नु इति अङ्गम् अस्ति. तिप् प्रत्ययस्य पित्वात् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा आप्नो इति भवति, आप्नोति इति रूपमस्ति. किन्तु अत्र मुख्यविषयः कः? कर्तरि शप् स्वादिभ्यः श्नु द्वयोर्मध्ये सङ्घर्षः भवति. स्वादिभ्यः श्नुः इति अपवादसूत्रं, निरवकाशत्वमेव अपवादस्य बलम्. अतः अपवादबलेन स्वादिभ्यः श्नुः इति सूत्रेण श्नु प्रत्ययः आयाति. नरसिंहहेग्डे महोदय, अत्र ध्येयं यत् इति लिखितमस्ति, पठित्वा समापयतु.
भगिनी अत्र श्नु इति केवलं वर्णमेलनं भवति खलु, आप्नु इति वर्णमेलनमेव भवति, गुणकार्यं न भवति खलु अत्र.
अत्र धातुः कीदृशः गुणकार्यं भवितुम् आनुकूल्यं नास्ति खलु?
हा, तदपि अस्ति, तथापि अत्र विकरणप्रत्ययः श्नु अस्ति अतः गुणकार्यं न भवति. मम शङ्का अस्ति, चिनोति अस्ति, चि अस्ति, चि चिनो चिन् धातु स्वीकरोतु चेत् चि योगे श्नु आगच्छति, चिनोति इति भवति. अत्र चि कार इकवर्णः अस्ति पुगन्तलघुपदस्य इति कारणे अत्र गुणः न भवति. किमर्थम् इत्युक्ते स्वादिगणे अस्ति, श्नप् श्नु अस्ति अत्र, अपित्वात् कारणात् गुणः न भवति. तथैव न खलु?
उत्तमं. धातौ अपि आनुकूल्यं नास्ति. आप् इति धातुः ईगन्तः नास्ति, ईगुपधः अपि नास्ति. भगिनी यदुक्तवती तत् सत्यं. श्नु प्रत्ययस्य अपित्वमस्ति, अपित्वात् गुणनिषेधः क्निति च इति सूत्रेण, नित्वत् भूत्वा अपित्वात् गुणनिषेधः. किन्तु चि इति धातुः ईगन्तधातुः, इगन्तधातुः स्वादिगणे अस्ति. स्वादिगणे अस्ति इति कारणतः स्वादिभ्यः श्नुः इति सूत्रेण श्नुविकरणप्रत्ययः अस्ति. तत्र धातौ आनुकूल्यम् अस्ति, किन्तु विकरणप्रत्ययस्य अपित्वात् गुणनिषेधः. अतः चिनोति एव भवति, न तु चेनोति. चेनोति इति अशुद्धं रूपं. तत्र श्नुविकरणप्रत्ययस्य अपित्वात् चि धातौ अङ्गकार्यं न भवति अथवा गुणकार्यं न भवति. सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं न भवति. श्नु प्रत्ययः अपित् प्रत्ययः.
भगिनि एकः संशयः, अतः आहत्य श्नु प्रत्ययं निमित्तीकृत्य धातोः किमपि गुणकार्यं न भवति खलु?
न भवति.
तिङ् प्रत्ययं निमित्तीकृत्य एव अत्र किमपि भवितुम् अर्हति, अतः एव नो इति आगच्छति.
उत्तमं. चिनोति, आप्नोति. उत्तमं. तत्र गुणकार्यं तिप् प्रत्ययं निमित्तीकृत्य भवति. तिप् इत्यस्मिन् पित्वम् अस्ति. महोदय पठतु.
अत्र देयं यत् त्रयाणां लट्लकाररूपे धातु तिङ्प्रत्ययोः मध्ये यः स्वरः अस्ति सः भिन्नः. पिबति, ददाति, आप्नोति. अपि च ददाति इत्यस्मिन् धातोः द्वित्वम्. अनेन कारणेन वदामः यत् धातु गणभेदात् रूपभेदः इति इदमेव सार्वधातुकलकारस्य लक्षणम्. अत्र एतत् पश्यामः चेत् पिबति, ददाति, आप्नोति. पिबति मध्ये अकारः दृश्यते, ददाति मध्ये आकारः दृश्यते, आप्नोति मध्ये ओकारः दृश्यते. किमर्थम् इत्युक्ते गणविकरणप्रत्ययः इति अनन्तरं रूपभिन्नं भवति. तत्र गुणकार्यं भवति, कदा द्वित्वं भवति, कदा किमपि न भवति, केवलं वर्णमेलं भवति. अपि च ददाति इत्यस्य द्वित्वः. अनेन कारणेन वदामः यत् धातुगणभेदेन रूपभेदः, धातुगणविकरणप्रत्ययात् रूपभेदः भवति इति अत्र दत्तमस्ति. पाणिना साक्षात् सार्वधातुकलकार अर्धधातुकलकार च संज्ञाद्वयं कुत्रापि न दत्तं, किन्तु अष्टाध्यायः आकृति स्वयं पूर्णतया एतादृशं नामकरणं पोषयति. अतः अतीव योग्यम् अभूतपूर्व नामकरणम् इदं मात्रमपि कृतम्. अनेन नामकरणेन किं भवति? ज्ञानं सुदृढं भवति, आयोजितं भवति मनसि. ज्ञानस्य सम्यक् आयोजनं न भवति चेत् अस्तव्यस्तता इति फलम्. अपि च शास्त्रीयव्याकरणविषये गुरुकुलीयेषु बहूनां मनसि इयमेव अस्तव्यस्तता वर्तते. तस्य निवारणार्थं मातुः शिक्षापद्धति आवश्यकी, अत्यावश्यकी. अत्र मातुः भिन्नशिक्षापद्धतिः कृतमस्ति. किमित्युक्ते सा कृतवती सार्वधातुकलकार अर्धधातुकलकार इति. एतत् अष्टाध्यायं साक्षात् न उक्तमस्ति, केवलं मातु कृता अस्ति, बहु प्रयोजनकारी अस्ति. अन्यथा किं भवति? अस्तव्यस्तता भवति, किमपि मनसि न गच्छति. अतः मातृभिः एतत् बहु सम्यक् कृतवती इति अत्र दत्तमस्ति.
उत्तमं. शास्त्रीयव्याकरणविषये गुरुकुलीयेषु बहूनां मनसि इयमेव अस्तव्यस्तता. अस्तव्यस्तता इत्युक्ते खेयास्, खेयाटेक्. बहूनां छात्राणां मनसि अस्तव्यस्तता वर्तते. किमर्थं चेत् गुरुकुलेषु सिद्धान्तकौमुदीग्रन्थम् आश्रित्य अधिकृत्य पठनं च क्रियते छात्रैः. पठनं सिद्धान्तकौमुदीग्रन्थस्य आधारेण भवति. सिद्धान्तकौमुद्यां प्रक्रिया कीदृशी अस्ति इत्युक्ते प्रत्येकं धातोः दशलकाराणां रूपाणि एकत्र एव स्थापितानि सन्ति. इत्युक्ते आदौ लट् रूपाणि, लिट् रूपाणि, लुट् रूपाणि, लोट् रूपाणि, इत्युक्ते सर्वेषां दशलकाराणां सर्वाणि रूपाणि एकत्र स्थापितानि सन्ति चेत् तादृशरीत्या पठामश्चेत् अस्माकं मनसि ज्ञानं सुदृढं न भवति. एतादृशं विभजनं तस्मिन् ग्रन्थे नास्ति. एतादृशविभजनम् अस्ति चेत् तत्र सौलभ्यम् अस्ति. इत्युक्ते केषां केषां लकाराणां प्रसङ्गे साम्यम् अस्ति, केषां लकाराणां प्रसङ्गे भेदः अस्ति. इत्युक्ते केषु लकारेषु साम्यम् अस्ति, केषु लकारेषु पार्थक्यम् अस्ति, भेदः अस्ति. कुत्र साम्यम् अस्ति, कुत्र भेदः अस्ति इति स्पष्टतया ज्ञायते अनेन विभजनेन. तदर्थमेव मातृभिः इदं विभजनं कृतम् अस्ति. किन्तु सा स्वयं कृतवती वा इति प्रश्नः आयाति. अष्टाध्याय्याः आकृतिं परिशील्य सा एवं कृतवती। अष्टाध्याय्याः आकृतिः स्वयं पूर्णतया एतादृशं नामकरणं पोषयति। अष्टाध्याय्याः अवलोकनं कृत्वा अथवा अष्टाध्यायी ग्रन्थस्थानि सूत्राणि सर्वाणि अवलोक्य परिशील्य माताजी एवं नामकरणं कृतवती। सार्वधातुकलकाराः आर्धधातुकलकाराः एवं विभजनं कृतवती। तेन प्रक्रिया सौलभ्यमस्ति, इत्युक्ते सरलतया सोपानेन वयं रूपाणि साधयितुं शक्नुमः। अग्रे आर्धधातुकलकाराणां प्रसङ्गे दत्तमस्ति, इदानीं वयम् अत्र स्थगयामः। सर्वेषां धन्यवादाः।
धन्यवादः।
धन्यवादः।
धन्यवादः।